पाणिनीयव्याकरणवर्गं प्रति सर्वेषां स्वागतम्। आदौ मङ्गलाचरणं कुर्मः, पश्चात् पाठं प्रति सरेम। भगिनी एकवारं स्मारयतु।
ॐ येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। श्रीगुरुभ्यो नमः।
धन्यवादाः भगिनि। अष्टाध्याय्यां प्रत्ययः प्रक्रिया च समग्रदृष्टिः इति पाठः समापितः। अद्य नूतनपाठः आरभ्यते। विषयः तु परिचितः एव। पाठस्य शीर्षकमस्ति कृत् प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च। कृत् प्रत्ययाः अपि इति उक्तमस्ति पाठस्य शीर्षके। इत्युक्ते पूर्वं वयं किञ्चित् अधीतवन्तः तिङ्प्रत्ययानां प्रसङ्गे कृत् प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च इति शीर्षकमस्ति। आर्धधातुकाश्च इत्यत्र सन्धिद्वयमस्ति विसर्जनीयस्य सह खरि, तत्र चकारः खर्वर्णः अस्ति इति कारणतः विसर्गसन्धिकार्यं भूत्वा आदौ दन्त्यसकारः आयाति, पश्चात् स्तोः स्चुनाश्चुः इति सूत्रेण स्चुत्वसन्धिकार्यं भूत्वा तालव्यसकारः आगतः, तेन आर्धधातुकाश्च इति रूपं सिध्यति। एतावत्पर्यन्तं यदस्माभिः पठितं तस्मिन् प्रसङ्गे पुनःस्मरणत्वेन किञ्चित् वक्तुमिच्छामि। अद्य सारांशत्वेन किञ्चित् पुनःस्मरणत्वेन वक्तव्यमेव। बहुकालात् पूर्वम् अस्माकं वर्गः अभवत्, अतः पुनःस्मरणं कर्तुमिच्छामि। संस्कृतपदानां रूपसाधनवेलायां प्रथमं सोपानं किम् इति प्रश्ने सति तत्र प्रक्रिया सार्वधातुकप्रक्रिया अस्ति वा आर्धधातुकप्रक्रिया अस्ति वा इति आदौ ज्ञातव्यम्। प्रक्रिया कीदृशी अस्ति इति मुख्यविषयः। अपि च प्रत्ययः धातोः परं विहितः वा प्रातिपदिकात् परं विहितः भवति वा इति अपि द्रष्टव्यम्। प्रत्ययः धातोः परं विहितः भवति चेत् सः प्रत्ययः कीदृशः, प्रत्ययस्य स्वभावः कीदृशः इति द्रष्टव्यम्। धातोः परं बहुविधप्रत्ययाः विधीयन्ते। धातोः परं तिङ्प्रत्ययानां विधानं भवति, कृत् प्रत्ययानां विधानमपि भवति। धातुभ्यः कति विधप्रत्ययाः विधीयन्ते इति प्रश्ने सति धातुभ्यः तिङ्प्रत्ययाः विधीयन्ते, कृत् प्रत्ययाः विधीयन्ते, अपि च अन्यप्रत्ययाः अपि सन्ति, किन्तु मुख्यतया तिङ्प्रत्ययाः विधीयन्ते, कृत् प्रत्ययाः अपि धातुभ्यः विधीयन्ते। तिङ्प्रत्ययाः के इति प्रश्नः उदेति। अष्टादश तिङ्प्रत्ययाः सन्ति। अष्टादश तिङ्प्रत्ययाः धातुभ्यः विधीयन्ते। तिङ्प्रत्ययस्य योजनेन तिङ्गन्तपदनिर्माणं भवति। तिङ्प्रत्ययस्य अन्यनाम अस्ति सार्वधातुकप्रत्ययः। तिङ्प्रत्ययः सार्वधातुकप्रत्ययः किमर्थम् इत्युक्ते तिङ्क्षित् सार्वधातुकम् इति सूत्रमस्ति खलु, पाणिनेन उक्तं खलु तिङ्क्षित् सार्वधातुकम् इति कथनेन तिङ्प्रत्ययः सार्वधातुकसंज्ञकः। धातुतः तिङ्प्रत्ययस्य योजनेन तिङ्गन्तपदं सिध्यति। अपदं न प्रयुञ्जीत इति एकं वाक्यम् अस्ति, इत्युक्ते पदं नास्ति चेत् तस्य प्रयोगः मा भवतु वाक्येषु इति अर्थः। पदं नाम किम् इति प्रश्ने सति सुप्तिङन्तं पदम् इति सूत्रमस्ति, संज्ञासूत्रमस्ति। यस्य शब्दस्य अन्ते तिङ्प्रत्ययः अस्ति तत् तिङ्गन्तं, यस्य शब्दस्य अन्ते सुप्रत्ययः अस्ति तत् सुबन्तम्। पदम् इत्युक्ते सुबन्तम् अथवा तिङ्गन्तम् इति एव पदम् इति कथयितुम् अर्हः भवति इति अर्थः। धातुतः तिङ्प्रत्ययस्य योजनेन तिङ्गन्तरूपसिद्धिः भवति। तिङ्प्रत्ययाः सार्वधातुकाः खलु, अतः तिङ्गन्तरूपसिद्धिः सार्वधातुकप्रक्रिया भवति। तिङ्प्रत्ययाः सर्वे सार्वधातुकाः तिङ्क्षित् सार्वधातुकं सूत्रेण, अतः प्रक्रिया सार्वधातुकप्रक्रिया। किन्तु तत्र किञ्चित् वैशिष्ट्यमस्ति खलु, वयं पठितवन्तः खलु केवलं चतुर्षलकारेषु एव सार्वधातुकप्रक्रिया इति वदामः। लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षलकारेषु एव सार्वधातुकप्रक्रिया इति वदामः. दशसु लकारेषु अन्ये षट् लकाराः सन्ति खलु, तेषु षट्सु लकारेषु सार्वधातुकप्रक्रिया इति न वदामः, आर्धधातुकप्रक्रिया इति वदामः. इत्युक्ते षट्सु लकारेषु आर्धधातुकप्रक्रियाम् उपयुज्य रूपाणि साधयामः. किमर्थं तथा? तिङ्प्रत्ययः सर्वे सार्वधातुकाः खलु, तिंशित् सार्वधातुकं सूत्राणि, किन्तु एतावान् भेदः किमर्थमस्ति इति प्रश्ने सति षट्सु आर्धधातुकलकारेषु किं भवति, तत्र सूत्रद्वयम् अस्ति. स्यतासील् रूलु टोः इति एकं सूत्रमस्ति, चिलील् इति अन्यत् सूत्रमस्ति. स्यतासील् रूलु टोः इति सूत्रेण लृट् लकारे स्या इति आर्धधातुकलकारनिमित्तिकविकरणप्रत्ययः आदौ आयाति. तेन सूत्रेण एव लृङ् लकारे अपि स्या इति आर्धधातुकसंज्ञकलकारनिमित्तिकविकरणप्रत्ययः प्रथमसोपाने धातोः परम् आगत्य उपविशति. एवमेव लुट् लकारे तास् इति आर्धधातुकलकारनिमित्तिकविकरणप्रत्ययः धातोः परम् प्रथमसोपाने आगत्य उपविशति. अतः धातुः आर्धधातुकलकारनिमित्तिकविकरणप्रत्ययं पश्यति, अतः सा प्रक्रिया आर्धधातुकप्रक्रिया. स्यतासील् रुलुटोः सूत्रेण त्रिषु लकारेषु, इत्युक्ते लृट्टु लृङ्गु लुट्टु त्रिषु लकारेषु लकारनिमित्तिकविकरणप्रत्ययः आयाति. चिलिलुङ्गि इति सूत्रेण लुङ् लकारे चिलि इति आर्धधातुकलकारनिमित्तिकविकरणप्रत्ययः आगत्य उपविशति धातोः अनन्तरम्. इत्युक्ते एतेषु चतुर्षु लकारेषु आर्धधातुकलकारनिमित्तिकविकरणप्रत्ययः आगत्य उपविशति. इत्युक्ते धातुः लकारनिमित्तिकविकरणप्रत्ययं पश्यति, न तु तिङ्प्रत्ययः. अतः ते लकाराः आर्धधातुकाः, अतः तत्र प्रक्रिया अस्ति आर्धधातुकप्रक्रिया. एवमेव किन्तु तत्र इतोपि चिन्तनमस्ति. लिट् च लिङ्गाशिषि इति सूत्रद्वयेन लिट् लकारे आशीर्लिङ्गलकारे तिङ्प्रत्ययाः अपवादत्वेन अपवादसूत्राभ्याम् आर्धधातुकाः भवन्ति. यद्यपि तिङ्प्रत्ययाः सार्वधातुकाः एव, तथापि लिट् लकारे आशीर्लिङ्गलकारे तिङ्प्रत्ययाः आर्धधातुकाः भवन्ति इति साक्षात् पाणिनिना उक्तम्, अतः आर्धधातुकाः. अत्र प्रक्रिया सार्वधातुका प्रक्रिया वा आर्धधातुकप्रक्रिया वा इति मुख्यविषयः. आहत्य एतावत्पर्यन्तं लकाराणां प्रसङ्गे अहम् उक्तवती, इत्युक्ते तिङन्तरूपसिद्धेः प्रसङ्गे अहम् उक्तवती. तिङन्तरूपसिद्धौ यादृशं चिन्तनं कुर्मः तादृशं चिन्तनमेव कृदन्तानां प्रसङ्गे अपि भवति इति मुख्यविषयः. अतः एव कृत् प्रत्ययाः अपि इति लिखितमस्ति पाठस्य शीर्षकं. कृत् प्रत्ययः अपि इत्युक्ते कृदन्तानां रूपसिद्धौ अपि, एतादृशं चिन्तनमेव करणीयम्. इत्युक्ते सा प्रक्रिया सार्वधातुकप्रक्रिया वा आर्धधातुकप्रक्रिया वा इति चिन्तनं करणीयम्. सार्वधातुकतिङ्क्षु सार्वधातुककृत्सु प्रक्रिया समाना, आर्धधातुकतिङ्क्षु आर्धधातुककृत्सु प्रक्रिया समाना अस्ति. सार्वधातुकप्रक्रियायां गणचिन्तनं करणीयम्. किमर्थं चेत् सार्वधातुकप्रक्रियायां मुख्यतया सार्वधातुकलकारेषु धातुना साक्षात् कर्त्रार्थकसार्वधातुकप्रत्ययः दृश्यते. धातुः साक्षात् कर्त्रार्थकसार्वधातुकप्रत्ययं तिङ्प्रत्ययं पश्यति, अतः तिङ्प्रत्ययं निमित्तीकृत्य तत्र कर्तरी शप् सूत्रेण शप् विकरणप्रत्ययः आगन्तुं शक्नोति. यदा कर्तरिषप् आगन्तुं शक्नोति तदा अवश्यं गणचिन्तनं करणीयं. सः धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यं. धातुगणम् अनुसृत्य, इत्युक्ते सः धातुः कस्मिन् गणे अस्ति इत्यस्य आधारेण कर्तरिषप् सूत्रं प्रबाध्य अन्येषु गणेषु अपवादसूत्रैः अन्ये गणविकरणाः आयान्ति. एतत् सर्वं सार्वधातुकतिङ्क्षु अपि भवति, सार्वधातुककृत्सु अपि भवति. इत्युक्ते सार्वधातुकप्रक्रियायां गणचिन्तनम् अवश्यं करणीयं. सः धातुः कस्मिन् गणे अस्ति इति अवश्यं द्रष्टव्यम्. किन्तु आर्धधातुकप्रक्रियायां गणचिन्तनम् अनावश्यकम्. आर्धधातुकप्रक्रियायां धातुः साक्षात् आर्धधातुकलकारनिमित्तिकविकरणप्रत्ययं पश्यति इत्यतः कर्तरिषप् आगन्तुं न शक्नोति. तत्र कर्तरिषप् इत्यस्य अवसरः एव नास्ति. आर्धधातुकप्रक्रियायां कर्तरि शप् न आयाति तस्य प्रसक्तिः एव नास्ति अतः गणचिन्तनम् अनावश्यकम् किन्तु तत्र इडागमचिन्तनं करणीयम् प्रक्रिया आर्धधातुकप्रक्रिया अस्ति चेत् आर्धधातुकतिङ्क्षु आर्धधातुककृत्सु इडागमचिन्तनम् अवश्यं करणीयम् अपि च किञ्चित् सार्वधातुकम् इति सूत्रे तिङ्प्रत्ययाः सार्वधातुकाः इति उक्तम् अपि च इतोपि किमस्ति तत्र षित् प्रत्ययः अपि सार्वधातुकः षित् इति कथनेन शकारः इत् यस्य सः इति विग्रहवाक्यमस्ति षित् इति कथनेन इत्युक्ते षित् प्रत्ययाः अपि सार्वधातुकाः एव नवषित् प्रत्ययाः सन्ति परिचितषित् प्रत्ययाः शत्रुप्रत्ययः शाण् च प्रत्ययः नवसु षित् प्रत्ययेषु परिचिता प्रत्ययः शत्प्रत्ययः शाणच् प्रत्ययः वयं जानीमः अस्माकं प्रकृतविषयः कृत् प्रत्ययः खलु अस्माकम् अद्यतनविषयः कृत् प्रत्ययाः अतः कृत् प्रत्ययानां प्रसङ्गे स्पष्टतया ज्ञातव्यं के के प्रत्ययाः कृत् प्रत्ययाः भवितुमर्हन्ति इति प्रश्नः उदेति तत्र एकं सूत्रमस्ति कृदतिङ् इति सूत्रेण ये प्रत्ययाः तिङ्गः न सन्ति ते कृत् प्रत्ययाः भवन्ति इत्युक्ते अतिङ् प्रत्ययाः एव कृत् प्रत्ययाः इति अर्थः खलु तत्र अतिङ् प्रत्ययाः एव कृत् प्रत्ययाः केवलं तावत् कथनेन पर्याप्तं भवति वा कृदतिङ् सूत्रेण अतिङ् प्रत्ययाः इत्युक्ते ये तिङ्गः न सन्ति ते कृत् प्रत्ययाः भवन्ति इति वदामश्चेत् तत्र पर्याप्तं भवति वा न सुप्रत्ययान् स्वीकुर्वन्तु सुप्रत्ययाः अतिङ् प्रत्ययाः एव किन्तु कृत् प्रत्ययाः न भवन्ति किमर्थं तथा इत्युक्ते सुप् प्रत्ययाः प्रातिपदिकात् विधीयन्ते सुप् प्रत्ययाः धातुभ्यः न विधीयन्ते अतः सुप् प्रत्ययाः कृतः न भवन्ति इति विषयः इत्युक्ते अतिङ् इति कथनेन सुप् प्रत्ययाः अतिङ् प्रत्ययाः एव खलु किन्तु धातुभ्यः विधीयमानाः अतिङ् प्रत्ययाः एव कृत् प्रत्ययाः भवन्ति अतः सुप् प्रत्ययाः कृत् प्रत्ययाः न भवन्ति एवमेव सनादिप्रत्ययाः सन्ति सनादिप्रत्ययाः धातुभ्यः विधीयमानाः प्रत्ययाः एव अतिङ् प्रत्ययाः एव किन्तु कृत् प्रत्ययाः भवन्ति वा इति प्रश्नः उदेति सनादिप्रत्ययाः धातुभ्यः विधीयमानाः अपि च अतिङ् प्रत्ययाः किन्तु ते कृत् प्रत्ययाः न भवन्ति किमर्थम् इत्युक्ते सनादिप्रत्ययानां विधानं यत्र भवति तत्र कृत् अधिकारः नास्ति कृद् अधिकारः कृदतिङ् सूत्रात् आरभ्यते अतः सनादिप्रत्ययः धातुभ्यः विधीयन्ते चेदपि ते कृत् प्रत्ययाः न भवन्ति अपि च धातुभ्यः विधीयमानाः अन्ये प्रत्ययाः सन्ति विकरणप्रत्ययाः गणविकरणप्रत्ययाः लकारनिमित्तिकविकरणप्रत्ययाः ते सन्ति खलु तेषां विधानमपि तृतीयाध्याये एव भवति खलु विकरणप्रत्ययाः अपि अतिङ्गेव विकरणप्रत्ययाः अपि धातुभ्यः विधीयमानाः प्रत्ययाः एव किन्तु ते कृत् प्रत्ययाः न भवन्ति किमर्थम् इत्युक्ते विकरणप्रत्ययानां विधानमपि कृत् अधिकारे नास्ति अतः विकरणप्रत्ययाः अपि कृत् प्रत्ययाः न भवन्ति आहत्य कृत् प्रत्ययाः के इति प्रश्ने सति तस्य उत्तरं किं विकरणप्रत्ययान् विहाय सनादिप्रत्ययान् विहाय तिङ् प्रत्ययान् विहाय इत्युक्ते एतान् त्रीन् प्रत्ययान् विहाय त्यक्त्वा धातुभ्यः विधीयमानाः अन्य सर्वे प्रत्ययाः कृत् प्रत्ययाः भवन्ति इति विषयः अपि च अहं पूर्वम् उक्तवती खलु तिङ् प्रत्ययाः सार्वधातुकाः सन्ति आर्धधातुकाः सन्ति इत्युक्ते लिट्च लिङ्गाशीषि इति सूत्रद्वयेन तिङ् प्रत्ययाः अपवादत्वेन आर्धधातुकाः भवन्ति इति उक्तं खलु इत्युक्ते तिङ् प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाः इत्युक्ते एवं गणद्वये द्वे प्रत्ययाः विभक्ताः अत्र चित्रमस्ति खलु अद्यतनकरपत्रे चित्रमस्ति तस्मिन् चित्रे तदेव लिखितम् अस्ति तिङ् प्रत्ययाः सार्वधातुकाः आर्धधातुकाः एवं गणद्वये विभक्ताः यथा तिङ् प्रत्ययाः गणद्वये विभक्ताः तथा एव कृत् प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाः इति गणद्वये विभजनं कृतमस्ति के कृत् प्रत्ययाः सार्वधातुकाः भवन्ति के कृत् प्रत्ययाः आर्धधातुकाः भवन्ति इति प्रश्ने सति षित् कृत् प्रत्ययाः सार्वधातुकाः, अशित् कृत् प्रत्ययाः आर्धधातुकाः भवन्ति. इत्युक्ते षित् प्रत्ययः तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकः खलु, अतः ये प्रत्ययाः षितः सन्ति, शकारः इत्संज्ञकः अस्ति येषु प्रत्ययेषु, ते प्रत्ययाः सार्वधातुकाः. इत्युक्ते षित् कृत् प्रत्ययाः सार्वधातुकाः, अषित् कृत् प्रत्ययाः आर्धधातुकाः भवन्ति. इत्युक्ते षित्वात् सार्वधातुकः, अषित्वात् आर्धधातुकः इति भाति. षित् कृत् प्रत्ययः सार्वधातुकः इति उक्तवती. अपि च सः कृत् प्रत्ययः कर्त्रर्थे अस्ति वा कर्मार्थे अस्ति वा इति द्रष्टव्यम्. षित् कृत् प्रत्ययः कर्त्रर्थे अस्ति वा कर्मार्थे अस्ति वा. षित् कृत् प्रत्ययः कर्त्रर्थे अस्ति चेत् किं भवति? षित् कृत् प्रत्ययः कर्त्रर्थे अस्ति चेत् इत्युक्ते कर्त्रर्थक षित् प्रत्ययः. कर्त्रर्थक षित् प्रत्ययः इत्युक्ते कर्त्रर्थक सार्वधातुकप्रत्ययः अस्ति चेत् धातोः परं किं भवति? पूर्वं किं पठितवन्तः? कर्त्रर्थक सार्वधातुक तिङ् प्रत्ययस्य प्रसङ्गे वयं चर्चितवन्तः. अधुना अद्य धातोः परं कर्त्रर्थक सार्वधातुकप्रत्ययः इत्युक्ते कर्त्रर्थक षित् प्रत्ययः अस्ति चेत् किं भवति? कर्त्रार्थक सार्वधातुक तिङ् प्रत्ययः धातोः परमस्ति चेत् यादृशं कार्यं भवति, तादृशं कार्यम् एव धातोः परं कर्त्रार्थक षित् प्रत्ययः अस्ति चेदपि भवति. इत्युक्ते सार्वधातुक तिङन्तरूपसिद्धौ यादृशानि कार्याणि भवन्ति, यादृशानि सूत्राणि आवश्यकानि भवन्ति, तादृशानि कार्याणि सूत्राणि एव शत्रन्तरूपसिद्धौ शाणिजन्तरूपसिद्धौ अपि आवश्यकानि भवन्ति, तादृशानि कार्याणि एव भवन्ति. इत्युक्ते सार्वधातुकतिङन्तानां प्रसङ्गे यादृशं चिन्तनम् अस्ति तादृशं चिन्तनमेव सार्वधातुककृदन्तानां प्रसङ्गे अपि भवति. तत्र प्रक्रिया समाना अस्ति. इत्युक्ते लट् लोट् लङ् विधिलिङ् चतुर्षु लकारेषु तिङन्तरूपसिद्धौ यादृशानि कार्याणि भवन्ति तादृशानि कार्याणि एव शत्रन्तरूपसिद्धौ कर्त्रर्थक शाणजन्तरूपसिद्धौ अपि भवति. शाणच् प्रत्ययः कर्त्रर्थे अपि भवति कर्मार्थे अपि भवति. अतः कर्त्रर्थक शाणजन्तरूपसिद्धौ अपि गणचिन्तनं करणीयम्, कर्त्रर्थक शत्रन्तरूपसिद्धौ अपि गणचिन्तनं करणीयम्. शत्रुप्रत्ययः शाणच् प्रत्ययः षित् प्रत्ययौ खलु, अतः तत्र प्रक्रिया समाना अस्ति. इत्युक्ते कृत् प्रत्ययः शत्रुप्रत्ययः इव कर्त्रर्थक सार्वधातुकप्रत्ययः अस्ति चेत् इत्युक्ते शत्रुप्रत्ययः कर्त्रर्थकः सार्वधातुकः इत्युक्ते शत्रुप्रत्ययः कर्तारं बोधयति खलु, अतः कर्त्रर्थक सार्वधातुक शत्रुप्रत्ययः धातोः परम् अस्ति चेत् तदा कर्तरि शप् आगन्तुं शक्नोति. इत्युक्ते शत्रन्तरूपसिद्धौ अपि कर्तरि शप् इत्यस्य प्रसक्तिः अस्ति इति कारणतः तदा धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यम्. धातुगणम् अनुसृत्य कर्तरि शप् सूत्रं प्रबाध्य अपवादत्वेन अपवादसूत्रैः अन्ये गणविकरणप्रत्ययाः आयान्ति. इत्युक्ते शत्रन्तरूपसिद्धौ अपि गणचिन्तनम् अवश्यं करणीयम्. इत्युक्ते शत्रन्तरूपसिद्धिः अपि सार्वधातुकप्रक्रिया एव. धातोः परं कर्त्रर्थक सार्वधातुक तिङ् प्रत्ययः अस्ति चेदपि तदेव कार्यम्. धातोः परं शत्रुप्रत्ययः अथवा षित् कृत् प्रत्ययः अथवा कर्त्रर्थक सार्वधातुक प्रत्ययः षित् प्रत्ययः अथवा शत्रुप्रत्ययः शान्त् प्रत्ययः एतादृशप्रत्ययः अस्ति चेदपि तादृशं कार्यमेव भवति इति अवगन्तव्यम्. इत्युक्ते सार्वधातुकतिङन्तरूपसिद्धिः अपि सार्वधातुकप्रक्रिया एव, शत्रन्तरूपसिद्धिः अपि सार्वधातुकप्रक्रिया एव. इत्युक्ते आहत्य अत्र वार्ता का? सार्वधातुकतिङ्षु सार्वधातुककृदन्तरूपेषु प्रक्रिया समाना अस्ति. सार्वधातुकलकारेषु यादृशरीत्या गणचिन्तनं कुर्मः तादृशरीत्या एव सार्वधातुककृदन्तरूपसिद्धौ अपि गणचिन्तनं करणीयम्. द्वयोः प्रसङ्गे प्रक्रिया साम्यमस्ति. आर्धधातुकप्रक्रियायाम् अपि एवमेव चिन्तनं करणीयम्. आर्धधातुकप्रक्रियायाम् अपि आर्धधातुकतिङ्षु आर्धधातुककृत्सु अपि धातुगणचिन्तनम् अनावश्यकम्. आर्धधातुकप्रक्रियायां कृदन्तरूपसिद्धौ अपि तिङन्तरूपसिद्धौ अपि तत्र इडागमचिन्तनम् एव भवति. इत्युक्ते आर्धधातुक तिङन्तरूपसिद्धौ आर्धधातुक कृदन्तरूपसिद्धौ प्रक्रिया समाना अस्ति, प्रक्रिया साम्यम् अस्ति इति तत्र सारांशः. आर्धधातुक कृदन्तरूपसिद्धिः तिङन्तरूपसिद्धिः तत्र द्वयोः प्रसङ्गे साम्यम् अस्ति. एवं रीत्या किमर्थं पठनीयम् इति प्रश्नः उदेति. इत्युक्ते एतादृशरीत्या पठामश्चेत् तत्र सौलभ्यम् अस्ति अथवा सारल्यम् अस्ति. अनया रीत्या पठनेन सारल्यम् अस्ति. सार्वधातुकतिङन्तरूपसिद्धौ यादृशानि कार्याणि भवन्ति तादृशानि कार्याणि, तादृशानि सूत्राणि सार्वधातुककृदन्तरूपसिद्धौ अपि आवश्यकानि भवन्ति. द्वयोः प्रसङ्गे कार्यसाम्यं वर्तते इति मुख्यसारांशः. अतः एव अस्माकं पाठस्य शीर्षकमस्ति कृत्प्रत्ययाः अपि सार्वधातुकाः अर्धधातुकाश्च इति लिखितमस्ति. सार्वधातुककृत्सु सार्वधातुकतिङ्क्षु प्रक्रियासाम्यं वर्तते. अनया पद्धत्या पठनेन तत्र सारल्यम् अस्ति. एतदेव मम अवगमनमस्ति. इदानीं वयं करपत्रं पश्यामः. करपत्रे चित्रमस्ति. चित्रं दृष्ट्वा भवन्तः किं चिन्तयन्ति इति एकवारं वदन्तु. शुभदा भगिनि, जालस्थानस्य उद्घाटने समस्या अस्ति, अतः करपत्रं दृष्ट्वा पठित्वा वदतु.
कृत्प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च. पूर्वम् अस्माभिः दृष्टं यत् धातुभ्यः विहिताः प्रत्ययाः द्विधाः, तिञ्च कृच्च. एते सर्वे प्रत्ययाः पुनः विभजिताः सार्वधातुकाः आर्धधातुकाः च. अस्य महत्त्वम् एवं यत् प्रत्ययः सार्वधातुकः चेत् तर्हि कर्त्रर्थे शबादयः विकरणाः आयान्ति कर्तरि शप् इत्यनेन. शबादयः आयान्ति चेत् धातुगणभेदाः भवन्ति. प्रत्ययः सार्वधातुकः नास्ति चेत् आर्धधातुकः एव, आर्धधातुकः चेत् इडागमविचारः करणीयः. इदं विभजनं तिङ्क्षु अपि भवति कृत्सु अपि भवति. पूर्वम् इयं व्यवस्था अस्माभिः अवलोकिता तिङ्प्रसङ्गे, अधुना अवलोकामहे कृत्प्रसङ्गे. तदनन्तरम् एतत् चित्रमस्ति. अत्र यदा भवती उक्तवती धातुभ्यः विहिताः प्रत्ययाः द्विधाः सन्ति
भगिनि, अत्र एकधा द्विधा त्रिधा, अत्र द्विविधाः इति लेखनीयं वा नो चेत् द्विधा भवन्ति इति लेखनीयं वा, प्रत्ययाः द्विधा भवन्ति इति लेखनीयं वा नो चेत् प्रत्ययाः द्विविधाः?
द्विधा इति सम्यक् इति मन्ये. तर्हि द्विधा इति वक्तव्यं वा? प्रत्ययाः द्विधाः सम्यक् वा द्विधा सम्यक् वा?
प्रत्ययाः द्विधा भवन्ति नो चेत् प्रत्ययाः द्विविधाः. द्वयोर्मध्ये भेदः अस्ति इति मम अवगमनम्. एकधा द्विधा त्रिधा इति वदतु.
प्रत्ययः धातुभ्यः विहिताः प्रत्ययाः द्विधा भवन्ति, तिञ्च कृच्च इति. तिङ् प्रत्ययः कृत् प्रत्ययः इति. ये प्रत्ययाः तिङ् न सन्ति ते कृत् प्रत्ययाः इति जानीमः कृदतिङ् इत्यनेन. एतत्तु बहु अस्तु. एते सर्वे प्रत्ययाः पुनः विभजिताः भवन्ति. तिङ् प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाः, कृत् प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाः. तर्हि तत्र भेदः अस्ति. यदा सार्वधातुकप्रत्ययाः सन्ति चेत् तत्र गणविकरणस्य चिन्तनं भवति. तिङ् प्रत्ययः यदा सार्वधातुकप्रत्ययः तिङ्क्षित् सार्वधातुकम् इत्यनेन तिङ् प्रत्ययाः सार्वधातुकप्रत्ययाः यदा तादृशाः प्रत्ययाः आगच्छन्ति चेत् तत्र ते कर्तृर्थे सन्ति चेत् कर्तृर्थे सार्वधातुकप्रत्यये परे कर्तरि शप् इत्यनेन शप् प्रत्ययः विकरणरूपेण आगच्छति. अतः धातुः तदनन्तरं विकरणप्रत्ययः, तदनन्तरं सार्वधातुकप्रत्ययः इति तस्य रचना भवति. शबादयः यदा शप् प्रत्ययः यदा आयाति अथवा धातुगण अनुसृत्य ये प्रत्ययाः विकरणप्रत्ययाः आगच्छन्ति तदा धातु ते धातुगणभेदाः आधारीकृत्य भवन्ति. यदा धातवः भिन्नेषु गणेषु भवन्ति ते धातवः तेषां गणः आधारीकृत्य गणम् आधारीकृत्य तत्तद्गणस्य प्रत्ययः तत्र आगच्छति. तत्तु कर्तरीषप् इत्यस्य प्रसङ्गः मूलतः अस्ति औत्सर्गिकरूपेण, परन्तु तत् प्रबाध्य तत्तद्गणस्य विकरणप्रत्ययः आगच्छति. यदा दिवादिगणः अस्ति चेत् कर्तरीषप् इत्यस्य इति बाधित्वा दिवादिभ्यः श्यन् इत्यनेन शप् बाधित्वा श्यन् इति आगच्छति. तर्हि शबादयः आगच्छन्ति चेत् तत्र धातुगणभेदाः भवन्ति. प्रत्ययः सार्वधातुकः नास्ति चेत् आर्धधातुकः अस्ति. यदा आर्धधातुकः अस्ति चेत् तत्र इडागमस्य विचारः करणीयः. तत्र तु धातुगणः गणम् आधारीकृत्य विकरणप्रत्ययाः न सन्ति. तत्र विकरणप्रत्ययस्य विचारः नास्ति, परन्तु इडागमस्य विचारः अस्ति. लकार आधारीकृत्य इडागमस्य न क्षम्यताम् अर्धधातुकप्रत्ययः अस्ति इति कृत्वा तस्य इडागमस्य विचारः भवति.
अर्धधातुकप्रत्ययः अस्ति चेत् अथवा प्रक्रिया अर्धधातुकप्रक्रिया अस्ति चेत् तत्र कर्तरिष्यप्रसक्तिः नास्ति. किमर्थं चेत् धातुः साक्षात् अर्धधातुकलकारनिमित्तिकविकरणप्रत्ययं पश्यति, इत्यतः तत्र कर्तरिष्यप् मध्ये आगन्तुं न शक्नोति. साक्षात् अर्धधातुकप्रत्ययं पश्यति धातुः, अतः यस्यां प्रक्रियायां धातुः साक्षात् अर्धधातुकप्रत्ययं पश्यति सा प्रक्रिया एव अर्धधातुकप्रक्रिया. तत्र कर्तरिष्यप् आगन्तुं न शक्नोति, तस्य कृते स्थानमेव नास्ति. अतः यदा कर्तरिष्यप् सूत्रस्य प्रसक्तिः नास्ति तदा गणचिन्तनम् अनावश्यकं खलु? वदतु.
तत्र यदा भवती उक्तवती धातुः अर्धधातुकप्रत्ययः प्रत्यक्षं साक्षात् पश्यति, अतः तत्र शबादयस्य प्राप्तिः नास्ति. शबादयस्य प्राप्तिः नास्ति अतः तत्तु आर्धधातुकलकारः इति उच्यते. आर्धधातुकलकारः अस्ति चेत् तत्र विकरण प्रत्ययः आर्धधातुकस्य लकारनिमित्तिकविकरणप्रत्ययः आगच्छति. यदा लुङ् लकारे च्लि इति आगच्छति, स्यतासि लृलुटोः इत्यनेन स्य अथवा तास् प्रत्ययः आगच्छति, तदा तत्र इडागमस्य प्रसङ्गः अपि अस्ति. आर्धधातुकस्य एड्वलादेः इत्यनेन यदा तादृश अर्धधातुकप्रत्ययः यदा वलादिः अस्ति चेत् तत्र इडागमस्य प्राप्तिः अस्ति. धातुः अपि सेट् अस्ति चेत् तत्र इडागमः भवति. एतादृशा प्रक्रिया कृत्सु अपि भवति इति एतत् चित्रम् अस्ति, चित्रं दर्शयति. धातुभ्यः तिङ् कृत् इति द्विधा प्रत्ययाः भवन्ति. तिङ् प्रत्ययाः सार्वधातुकाः अपि अर्धधातुकाः अपि च कृत् प्रत्ययाः अपि सार्वधातुकाः अर्धधातुकाः. तिङ्क्षित् सार्वधातुकम् इत्यनेन ये प्रत्ययाः तिङ् प्रत्ययाः ते तु सार्वधातुकाः भवन्ति.
कदा अर्धधातुकाः भवन्ति तिङ् प्रत्ययाः?
यदा धातुः साक्षात् अनन्तरं अर्धधातुकप्रत्ययः पश्यति साक्षात् पुरतः, तदा अर्धधातुक इति वक्तुं शक्यते.
किं वक्तुं शक्यते? तत्र तिङ् प्रत्ययाः वस्तुतः तिङ्क्षित् सार्वधातुकं सूत्रेण सार्वधातुकाः एव औच्छग्यकतया, किन्तु अपवादत्वेन लिट्जालिङ्गाशिषि सूत्रद्वयेन लिट्लकारे आशीर्लिङ्ग्लकारे तत्र अपवादत्वेन लकारद्वये तिङ्प्रत्ययाः अर्धधातुकाः भवन्ति इति पाणिनिना उक्तम्। अतः अत्र तिङ्प्रत्ययाः सार्वधातुकाः अपि च अर्धधातुकाः खलु?
आं भगिनि, शेषेषु लकारेषु तु प्रत्ययः अर्धधातुक प्रत्ययः तत्र सन्ति, चकासील् रुलुटोः इति सूत्रेण वा श्लीनुङि इति सूत्रेण वा तत्र अर्धधातुकप्रत्ययः आगच्छति। अतः सः लकारः सार्वधातुकः भवति, तथापि तत्र प्रत्ययः अर्धधातुकः भवति इति कारणात् केषुचित् लकारेषु द्वयोः लकारयोः कृते साक्षात् पाणिनिमहर्षिणा ते लकाराः अर्धधातुकलकाराः इति उक्तमस्ति, परन्तु केषुचित् लकारेषु प्रत्ययाः अर्धधातुकः भवन्ति, अतः ते अर्धधातुकलकाराः इति वक्तुं शक्यते इति मम चिन्तनम्।
सम्यक् उक्तवती भगिनी, चतुर्ष अर्धधातुकलकारेषु धातुः साक्षात् अर्धधातुकलकारनिमित्तिकविकरणप्रत्ययं पश्यति, इत्युक्ते स्या इति कथनेन स्या इति लकारनिमित्तिकविकरणप्रत्ययः तिंशित् नास्ति, अतः अर्धधातुकः। शिलि इति प्रत्ययः, तदपि षित् नास्ति इति कारणतः अर्धधातुकः। तास् प्रत्ययः अपि षित् नास्ति, तिंशित् नास्ति, अतः तास् प्रत्ययः अपि अर्धधातुकप्रत्ययः। इत्युक्ते चतुर्षु लकारेषु धातुः साक्षात् अर्धधातुकप्रत्ययं पश्यति, अतः सा प्रक्रिया अर्धधातुकप्रक्रिया, अपि च केवलं लकारद्वये एव तिङ् प्रत्ययाः अर्धधातुकाः भवन्ति इति पाणिनिः उक्तवान्। तत्तु सत्यमेव। अत्र उपरितने परिच्छेदे महत्वम् इति लिखितम् अस्ति। महत्वम् इत्यत्र तकारद्वयं लेखनीयं, किमर्थम्?
तत्र अनचि च इति सूत्रं कार्यं करोति इति मन्ये।
मम अवगमनमस्ति महत्वम् इति तद्धितप्रत्ययान्तपदमस्ति, महद् इति प्रातिपदिकमस्ति, इत्युक्ते तद्धितप्रत्ययाः प्रातिपदिकात् विधीयन्ते। यदा सुप्रत्ययाः प्रातिपदिकात् विधीयन्ते, प्रातिपदिकात् तद्धितप्रत्ययस्य योजनं भवति। महत्वम् इति पदं तद्धितान्तपदम्, तत्र प्रातिपदिकं स्वीकृत्य त्वा इति प्रत्ययं योजयामः। त्वा प्रत्ययस्य योजनेन तत्र नपुंसकलिङ्गरूपं सिद्ध्यति। महत् इति प्रातिपदिकम् अस्ति, महत् योगः त्वा इति प्रत्ययः अस्ति, महत्त्वम् इति। तत्र महत् प्रातिपदिकस्य रूपाणि त्रिषु लिङ्गेषु कथं भवन्ति?
महान् महान् महन्तौ महन्तः महन्तं महन्तौ महतः।
तत्र दीर्घत्वम् अस्ति, महान् महान्तौ महान्तः, महान्तं महान्तौ महतः, एवं पुंलिङ्गे रूपाणि भवन्ति। नपुंसकलिङ्गे महत् महती महन्ति, महत् महती महन्ति एवं भवन्ति। अपि च स्त्रीलिङ्गे महती महत्यौ महत्यः, महतीं महत्यौ महतीः एवं रूपाणि भवन्ति खलु? उत्तमं, नदीवत्। महत्वम् इत्यत्र सर्वदा तकारद्वयं लेखनीयम् इति एका वार्ता। अस्मिन् परिच्छेदे वाक्यद्वयं मुख्यम् अस्ति। इदं विभजनं तिंषु अपि भवति, कृत्सु अपि भवति इति मुख्या वार्ता। अपि च पूर्वं वयं तिङन्तरूपसिद्धेः प्रसङ्गे चर्चितवन्तः, इदानीं वयं कृत्प्रत्ययानां प्रसङ्गे चिन्तनं कुर्मः। इत्युक्ते अस्मिन् पाठे कृत्प्रत्ययानां प्रसङ्गे उक्तमस्ति। चित्रं दृष्ट्वा भवती किञ्चित् वदतु इतोपि।
धातुभ्यः तिङ् कृत् इति प्रत्ययाः वयं दृष्टवन्तः। तिङ् प्रत्ययाः यदा औत्सर्गिकरूपेण सार्वधातुकाः भवन्ति, तिङ् प्रत्ययाः सार्वधातुकाः भवन्ति। यदा ते सार्वधातुकाः भवन्ति कर्तृर्थे, अपि च कर्तृर्थे प्रयुज्यमानाः सन्ति, तदा कर्तृर्थे सार्वधातुके प्रत्यये परे धातुविकरणमध्ये कर्तरि शप् इत्यनेन शप् इति विकरणप्रत्ययः आगच्छति। केषुचित् गणेषु तत् प्रभाज्य गणम् अनुसृत्य भिन्ने भिन्नाः वितरणप्रत्ययाः आगच्छन्ति. यदा तिङ्प्रत्ययः औत्सर्गिकरूपेण सार्वधातुकाः, परन्तु यदा षट्सु लकारेषु आर्त षट्सु लकार क्षम्यतां षट् लकाराः आर्तधातुकलकाराः इति उच्यते, तेषु लकारद्वयं तु साक्षात् पाणिनिना उक्तं आर्तधातुकलकाराः इति, चतुर्षु शेषेषु चतुर्षु लकारेषु तु आर्तधातुकप्रत्ययाः उक्ताः सन्ति. तत्र धातुः साक्षात् तेषां धातवः साक्षात् तेषां पुरतः आर्धधातुकप्रत्ययाः पश्यन्ति, अतः ते सार्वधातुक लकाराः इति उच्यते. एतत् सर्वं तिङ् प्रत्ययस्य कृते. अधुना कृत् प्रत्ययस्य कृते, यदा कृत् प्रत्ययः षित् अस्ति, तिंषित् सार्वधातुकमिति उक्तं, तस्मात् तिङ् इति वयं दृष्टवन्तः. अधुना षित् प्रत्ययः अस्ति चेत् अपि च तिङ् नास्ति षित् अस्ति चेत् तत् कृत् प्रत्ययः इति उच्यते, कृदतिङ् इत्यनेन. अपि च ये कृत् प्रत्ययाः षित् प्रत्ययः अस्ति, यत्र शकारस्य उच्चन्या भवति, ते सर्वे कृत् प्रत्ययाः षित् प्रत्ययाः सार्वधातुकप्रत्ययाः इति उच्यते. तत्रापि तिङ्प्रत्ययसादृशम् एव, यदा ये ते सर्वे कृत् प्रत्ययाः कर्तृर्थे भवन्ति, तदा तत्र गणविकरणस्य चिन्तनं भवति. कर्तरि शप् इत्यनेन शबादयः विकरणप्रत्ययाः आगच्छन्ति. अपि च यत्र कृत् प्रत्ययाः अशित् भवन्ति, यदा यत्र ये प्रत्ययाः तिङ् न सन्ति, अपि च तस्मिन् शकारस्य उत्संज्ञा न भवति, तादृशाः प्रत्ययाः कृत् प्रत्ययाः आर्धधातुकप्रत्ययाः इति उच्यते. तत्रापि इडागमस्य विचारः भवति. धातुः साक्षात् अनन्तरं अशित् कृत् प्रत्ययाः पश्यन्ति, अतः तत्र ते सर्वे सार्वधातुक क्षम्यताम् आर्धधातुककृत् प्रत्ययाः इति वक्तुं शक्यते. तत्रापि इडागमस्य विचारः भवति. तत्रापि आर्धधातुकस्य बलादेः इत्यस्य विचारः अस्ति. तेन इडागमः भवति यदा धातुः अपि स्वेत् अस्ति चेत् इति वयं वक्तुं शक्यते.
कृत् प्रत्ययाः शितः अपि च कृत् प्रत्ययाः कर्त्रर्थे सन्ति चेदेव धातुगणभेदाः आयान्ति. इत्युक्ते षित् प्रत्ययः कर्त्रर्थे अस्ति वा द्रष्टव्यम्, षित् प्रत्ययः कर्मार्थे अस्ति वा इति अपि द्रष्टव्यम्. षित् प्रत्ययः कर्त्रर्थे अस्ति चेदेव धातुगणचिन्तनं भवति. उदाहरणार्थम् अस्मिन् पाठे शत्रुप्रत्ययस्य प्रसङ्गे उक्तमस्ति, शत्रुप्रत्ययः कर्त्रर्थकप्रत्ययः, कर्तरे कृत् इति सूत्रेण सामान्यतया कृत् प्रत्ययाः कर्तरर्थकाः भवन्ति. तत् औत्सर्गिकसूत्रं, कर्तरे कृत् इति सूत्रम् औत्सर्गिकसूत्रं, सामान्यसूत्रं, किन्तु तत्रापि अपवादाः सन्ति. कर्तरे कृत् इति सूत्रेण कृत् प्रत्ययाः सामान्यतया कर्तरर्थकाः भवन्ति, तेन कारणेन शत्रुप्रत्ययः कर्तरर्थकप्रत्ययः, षित्वात् सार्वधातुकः. अतः कर्तरर्थकसार्वधातुक तिङ्प्रत्यये परे यादृशं कार्यं भवति तादृशं कार्यमेव शत्रुप्रत्यये परे अपि भवति. किमर्थं चेत् शत्रुप्रत्ययः षित् प्रत्ययः अपि च कर्तरर्थकः, इत्युक्ते सार्वधातुक तिङन्तरूपसिद्धौ यादृशं कार्यं भवति तादृशं कार्यमेव शत्रन्तरूपसिद्धौ अपि भवति. शाणिजन्तरूपसिद्धौ अपि तानि सूत्राणि एव कार्याणि कुर्वन्ति. शाणजन्तरूपसिद्धौ तत्र किञ्चित् वैशिष्ट्यम् अस्ति. शाणच् प्रत्ययः कर्तरर्थे अपि भवति कर्मार्थे अपि भवति, तत् स्मर्तव्यम्. इत्युक्ते शाणच् प्रत्ययः कर्तरर्थे अस्ति चेदेव सार्वधातुकप्रक्रिया भवति, कर्तरर्थकशाणजन्तरूपसिद्धौ अपि गणचिन्तनं भवति. उदाहरणार्थं वन्दमान, वर्तमान इत्यादिषु तत्र सार्वधातुकप्रक्रिया एव अस्ति, किन्तु पठ्यमान खाद्यमान इत्यत्र कर्मणि शानच् अस्ति, तत्र सार्वधातुकप्रक्रिया नास्ति. कर्तृर्धकसार्वधातुकप्रत्यये परे एव सः प्रत्ययः तिङ् वा भवतु कृत् वा भवतु, प्रक्रिया तु समाना. इत्युक्ते तिङ्षु अपि कृत्सु अपि सार्वधातुकप्रक्रिया समाना एव इति अत्र वदन् अस्ति. इतोपि वयं किं पठितवन्तः, पूर्वं प्रत्ययः सार्वधातुकः अस्ति चेत् सः प्रत्ययः पित् अस्ति वा अपित् अस्ति वा इति द्रष्टव्यम्. सः प्रत्ययः सार्वधातुकः अस्ति चेत् पित् प्रत्ययः अस्ति वा अपित् प्रत्ययः अस्ति वा इति द्रष्टव्यम्. अत्र शत्रुप्रत्ययः अस्ति, शत्रुप्रत्ययः केवलं षित् एव, पित् नास्ति. इत्युक्ते शत्रुप्रत्ययः षित् प्रत्ययः अपित् प्रत्ययः च इति वक्तुं शक्यते. एवमेव शाणच् प्रत्ययः, शाणच् प्रत्ययः अपि षित् प्रत्ययः किन्तु अपित् प्रत्ययः इति स्मर्तव्यम्. इतोपि अन्यविषयः कः, प्रत्ययः आर्धधातुकः इति वदामश्चेत् तत्र प्रत्ययस्य स्वभावः इतोपि कीदृशः इति द्रष्टव्यं. प्रत्ययः आर्धधातुकः चेत् सः प्रत्ययः कित् अस्ति वा, नित् अस्ति वा, इणित् अस्ति वा, णित् अस्ति वा, नो चेत् कित् नित् णित् नित् भिन्नः अस्ति वा, एतत् सर्वं द्रष्टव्यम्. एतत् सर्वं वयं पूर्वं किञ्चित् अवगतवन्तः, अग्रे किमस्ति इति एकवारम् अवलोकयेम. उपरितनपरिच्छेदे अवलोकामहै इति लिखितमस्ति, लोट्लकाररूपम् अस्ति. लोकते इति आत्मनेपदिरूपं, लोकधातुः आत्मनेपदिधातुः. अत्र लोट्लकार उत्तमपुरुष बहुवचनरूपं दत्तमस्ति, अवलोकामहै इति लिखितम् अस्ति. अधुना कृत् प्रसङ्गे अवलोकामहै इति लिखितम्. सत्यभामा भगिनी अग्रे किं लिखितं पठतु.
कृत् नाम किम्? यथा उक्तं धातुभ्यः विहिताः प्रत्ययाः द्विधाः, तिञ्च कृच्च. यः कोऽपि तिङ् भिन्नः प्रत्ययः धातुतः विहितः स च प्रत्ययः कृत् इत्युच्यते. यस्य पदस्य अन्ते कृत् प्रत्ययः अस्ति तत्पदं कृदन्तपदं. कृदन्तपदानि सर्वदा सुबन्धानि इत्युक्ते नामपदानि सन्ति न तु क्रियापदानि. नामपदानि सन्ति न तु क्रियापदानि. यथा कर्तव्यं, मतिः, नेता, नायकः, लिखन्, प्रकाशमानम्, इमानि पदानि सर्वाणि कृदन्तानि. यतः एते प्रत्ययाः तव्यत्, तिन्, त्रिच्, नौल्, शत्र, शानच् साक्षात् धातुभ्यः विहिताः तिङ् भिन्नाः पदान्ते च सन्ति. अत्र किम् उक्तमिति चेत् धातुभ्यः विहिताः प्रत्ययाः द्विधाः सन्ति इत्युक्ते तिङ् प्रत्ययः कृत् प्रत्ययः धातुतः विधीयते. पुनः तदेव उच्यते तिङ्भिन्नप्रत्ययाः यदि धातुतः विधीयते तेभ्यः कृत् इति उच्यते. तदनन्तरं कृतन्तम् इत्यस्य विवरणं, यस्य पदस्य अन्ते कृत् प्रत्ययः विधीयते, कृत् प्रत्ययः अस्ति तत्पदं कृदन्तपदम् इति. कृदन्तपदानि सर्वदा सुबन्तानि एव.
तस्य अर्थः कः
इत्युक्ते कृदन्त कृत्प्रत्ययः यदा धातुभ्यः विधीयते तदानीं नूतन कृदन्तपदं प्राप्नोति. स च पदं सुबन्धमेव इति मम चिन्तनं, प्रातिपदिकमेव इति.
तत्र किं वक्तव्यं, धातोः परं कृत् प्रत्ययस्य योजनेन कृदन्तप्रातिपदिकं प्राप्नुमः.
कृदन्तप्रातिपदिकं प्राप्नुमः.
केवलं प्रातिपदिकम् अस्ति चेत् तत्र पदसंज्ञा नास्ति चेत् तस्य प्रयोगं कर्तुं न शक्यते खलु. अतः प्रातिपदिकं स्वीकृत्य सुप् प्रत्ययान् योजयामः, तदा तत् सुबन्तं भवति. अन्ततो गत्वा कृदन्तानि सर्वाणि सुबन्तानि भवन्ति. धातुतः कृत् प्रत्ययस्य योजनेन आदौ कृदन्तप्रातिपदिकनिर्माणं भवति, पश्चात् सुबन्तप्रक्रियाम् उपयुज्य तत् सुबन्तपदं भवति. वदतु.
यदा कृत्प्रत्ययः धातुतः विधीयते तदानीं नूतनप्रातिपदिकं सिद्ध्यति, पुनः प्रातिपदिकं स्वीकृत्य तत्र सुप्रत्ययस्य योजनेन सुबन्धपदानि सिद्ध्यते. इदानीं ते अतः ते सर्वे सुबन्ध नामपदानि न तु क्रियापदानि इति अर्थौ.
एतानि पदानि नामपदानि भवन्ति, न तु क्रियापदानि इति लिखितं. न तु क्रियापदानि इति अस्मिन् वाक्ये तस्य आवश्यकता अस्ति वा, तत्र इतोपि समीकरणीयं वा?
इत्युक्ते नामपदानि सन्ति न तु क्रियापदानि.
अत्र पश्यतु, न तु क्रियापदानि इति लिखितमस्ति. शुभदा भगिनी, न तु क्रियापदानि इति वदामश्चेत् तत्र कः अर्थः?
तत्र कोऽपि कस्यापि शब्दस्य कोऽपि शब्दः द्विधा विभजते, यथा प्रातिपदिकम् अपि च धातुः. तत्र नामपदं नास्ति चेत् क्रियापदम् अथवा धातुपदं भवति, क्रियापदं भवति. तत्र नामपदम्
कृदन्तपदानि नामपदानि इति तु सत्यं. कृदन्तपदानि सुबन्तानि एव, इत्युक्ते कृदन्तपदस्य अन्ते कृदन्तप्रातिपदिकं स्वीकृत्य सुप्रत्ययं योजयामः, अतः सुबन्तानि. किन्तु कृदन्तानि क्रियापदानि इव कार्यं कुर्वन्ति. रामः पठितवान्, बालकः पठितवान् इत्यत्र यद्यपि तत्र तिङन्तपदं नास्ति, कृदन्तपदमेव क्रियापदम् इव कार्यं करोति.
भगिनि एवं चिन्तनीयं वा, इदानीं रूट् अस्ति धातुः, अतः धातुतः यदा तिङ्प्रत्ययस्य योजनेन क्रियापदम् आगच्छति तद्वत् न चिन्तयतु, अत्र नामपदम् एव भवति इति चिन्तनीयं वा?
क्रियापदम् इति कथनेन, साधारणतया क्रियापदम् इति कथनेन लोकव्यवहारे वयं किं चिन्तयामः? तिङन्तपदानि एव क्रियापदानि इति चिन्तयामः. तिङन्तपदानि एव क्रियापदानि इति चिन्तयामः, तत्तु सत्यं नास्ति. कृदन्तपदानि अपि क्रियापदम् इव कार्यं कुर्वन्ति. बालकः पठितवान् इत्यस्मिन् वाक्ये पठितवान् इति तिङन्तं नास्ति, तथापि तत् पदं कृदन्तपदं क्रियापदम् इव कार्यं करोति. क्रियायाः भावं बोधयति कृदन्तपदं. कृदन्तानि सुबन्तानि एव, किन्तु क्रियायाः भावं बोधयन्ति. उदाहरणार्थं बालकः पाठं पठितवान् इति वदामश्चेत् तस्य अर्थः कः? बालकः पाठम् अपठत् इति अर्थः अस्ति. अपठत् इति न योजयामश्चेदपि, पठितवान् इति पदं योजयामश्चेदपि तत्र भावम् अवगन्तुं शक्नुमः, क्रियायाः भावम् अवगन्तुं शक्नुमः. इत्युक्ते पठितवान् इति पदं तत्र क्रियां सूचयति, क्रियां बोधयति. तत्र पठितवान् इति क्तवतु रूपम् अस्ति, कर्त्रर्थक प्रत्ययः क्तवतु प्रत्ययः, अतः कर्तारं बोधयति इति तु अन्यवार्ता. क्रियापदम् इव कार्यं कुर्वन्ति कृदन्तपदानि, अथवा क्रियां बोधयन्ति कृदन्तानि. सत्यभामा भगिनी, अत्र कानिचन पदानि सन्ति, तानि पदानि साधयतु, सरलरीत्या साधयतु, कर्तव्यं साधयतु.
कृ धातुतः तव्यत् प्रत्ययः कृ कर् इति भवति, तदनन्तरं तव्यत् प्रत्ययस्य अनुबन्धलोपे सति तव्य इति भवति, कर्तव्यम् इति रूपं भवति. मतिः तिन् प्रत्ययः तस्यापि अनुबन्धलोपे सति ति इति एव अवशिष्यते. मतिः इत्यत्र धातुः मा एव अस्ति वा?
भवती जानाति खलु मन्यते इति रूपम् अस्ति, मन्यते इति आत्मनेपदी रूपम् अस्ति. मन्यते इति वदामि चेत् तत्र धातुः कस्मिन् गणे अस्ति इति अवगन्तुं शक्यते?
दिवादिगणे अस्ति.
अहं मन्ये इति वदामः, मन्यते इति आत्मनेपदी रूपम् अस्ति. मन् धातुतः कृतिन् योजनेन अनुनासिकान्तधातुः अस्ति इति कारणतः कित् प्रत्यये परे अनुनासिकलोपः भवति विशिष्टसूत्रेण, अतः मतिः. वदतु.
मतिः, तदनन्तरं नेत्र इति अस्ति, नेता इति भवति. अत्र तृच् प्रत्ययः तृ इति अवशिष्यते, नेत्र इति प्रातिपदिकं, नेता इति नेत नेता नेता इति एव पुल्लिङ्गरूपमपि
उत्तमं नेता एव पुल्लिङ्गरूपं तत्र प्रातिपदिकमस्ति नेतृ इति प्रातिपदिकमस्ति नेत्री भवति स्त्रीलिङ्गे नपुंसकलिङ्गे नेतृ इति एव भवति तत्र धातुः अस्ति नीधातुः नीधातुः इगन्तधातुः इगन्तधातोः परं तृच् प्रत्ययः अस्ति तृच् प्रत्ययः कीदृशः
आर्थधातुकप्रत्ययः
अपि च
ऋकारान्तं
नित् 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 भिन्नः तदा अस्ति चेत् तत्र गुणकार्यं भवति इत्युक्ते नीति इगन्तधातुः अतः सार्वधातुक अर्धधातुकयोः इति सूत्रेण तृच् इति अर्धधातुकप्रत्ययं निमित्तीकृत्य नी इति इगन्तधातुरूपी अङ्गे गुणकार्यं भवति किमर्थं चेत् तृच् प्रत्ययः अर्धधातुकसामान्यप्रत्ययः इत्युक्ते कित् नित् 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 भिन्नः अतः गुणकार्यम् अग्रे वदतु
तृच् नवुल् प्रत्ययः अनुबन्धलोद्भेसति वो इति अवशिष्यते युवोरणाको इत्यनेन वो आक आदेशः भवति धातुः गै धातुः अस्ति गै इत्यत्र सन्ति कार्यं सर्वं भवति अनेन गायकः इति भवति
अत्र अहं चिन्तयामि आतो युक् चिङ्कृतोः इति विशिष्टं सूत्रम् आवश्यकं तेन युक् आगमः भवति गायकः इत्यत्र गै धातुतः णुवुल् प्रत्ययस्य योजनेन णुवुल् इत्यत्र ऊ एव अवशिष्यते ऊ स्थाने अक आदेशः भवति गै योगः अक इति स्थितिः अस्ति आतो युक् चिङ्कृतोः इति सूत्रेण युक् आगमः भवति तदानीमेव तद्रूपं
गा इति अस्ति
तत्र अर्धजातकप्रक्रिया अस्ति इति कारणतः गै इत्यत्र आदेशोपदेशशिति कार्यमपि अस्ति
तदस्ति चेत् गा इति भवति गा अत्र इति कृत्वा युक् आगमः भवति चेदेव यकारः आगच्छति
लिखन् वदतु
लिखन् तत्र शानच् प्रत्ययः
शत्रु
तस्मात् पूर्व शत्रुप्रत्ययः अत् इति अवशिष्यते
लिखन् इति शत्रुप्रत्ययः किमर्थं शत्रु कदा शत्रुप्रत्ययस्य विधानं भवति
प्रसेण्ट् कण्टिन्यूस् टेन्स् अस्ति चेत्
अत्र लिख् धातुः परस्मैपदीधातुः लिखति परस्मैपदीधातुभ्यः एव शत्रुप्रत्ययस्य विधानं भवति धातुः आत्मनेपदी चेत्
शानच् प्रत्ययस्य विधानं भवति
उत्तमम् अत्र लिखन् इति पुंलिङ्गरूपं दत्तमस्ति लिखन् इति सुबन्तपदम् इत्युक्ते पुंलिङ्गप्रथमाविभक्ति एकवचन शत्रन्तरूपम् इत्युक्ते शत्रन्तरूपाणि सप्तसु विभक्तिषु भवन्ति त्रिषु लिङ्गेषु सम्भवन्ति अत्र प्रातिपदिकमस्ति लिखत् वदतु लिखत् कथं साधनीयं
लिख् इति धातुः अस्ति शत्रुप्रत्ययस्य अत् इति एव अवशिष्यते लिख् योगः अत् लिखत् इति अस्ति लिखन् इति कथं भवति
तद्भिन्ना वार्ता आदौ प्रातिपदिकं साधयतु
लिखत् इति भवति प्रातिपदिकं
शत्रुन्तप्रातिपदिकं लिखत् तत्र प्रक्रिया कीदृशी अस्ति प्रक्रियां वदतु लिखत्
शत्रुप्रत्ययस्य शकारस्य संज्ञा भवति तस्य लोभः इति अनेन लोभः भवति ऋकारस्य उपदेशे अचनुनासिक उपदेशे अच् अनुनासिक इत् इत्यनेन ऋकारस्य अपि शत्रु इति अनुनासिक ऋकारः अस्ति वा
अनुनासिकऋकारः अस्ति इत्यतः उपदेशनुनासिकगच्छति
अत् एव अवशिष्यते लिख् इत्यत्र धातोः अन्तिमाकारस्य अपि उपदेशे अचानुनासिक इत्यनेन इत्संज्ञा भूत्वा तस्य लोभः इत्यनेन लोपः अपि भवति लिख् एव अवशिष्यते लिख् योगः तत्र अकारः आगच्छति
तत्र चिन्तनं किम् अस्ति इति एव अस्माकं प्रकृतविषयः अस्मिन् पाठे तदेव लिखितमस्ति अनुबन्धलोपानन्तरं धातोः रूपं लिख् अस्ति अनुबन्धलोपानन्तरं शत्रुप्रत्ययस्य अवशिष्टभागः अत् अस्ति लिख् योगः अत् इति स्थितिः अस्ति. अत् इति प्रत्ययः शत्रुप्रत्ययः कीदृशः, शत्रुप्रत्ययस्य स्वभावः कः इति प्रश्ने सति, शत्रुप्रत्ययः षित्वात् सार्वधातुकः अपि च कर्त्रार्थकप्रत्ययः, इत्युक्ते धातोः परं कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति इति कारणतः तत्र कर्तृशप् आगन्तुं शक्नोति. कर्त्रार्थकसार्वधातुकप्रत्ययं निमित्तीकृत्य कर्तृशप् आगन्तुं शक्नोति इत्युक्ते शप् इत्यस्य प्रसक्तिः अस्ति. प्रसक्तिः अस्ति इति कारणतः इदानीं धातुगणचिन्तनं करणीयम्. अयं धातुः कस्मिन् गणे अस्ति? शत्रन्तरूपसिद्धिः सार्वधातुकप्रक्रिया एव, अतः गणचिन्तनं करणीयं. धातोः परं कर्त्रार्थकसार्वधातुकशत्रुप्रत्ययः अस्ति, शत्रुप्रत्ययः अन्ते अस्ति, अतः धातुगणचिन्तनं करणीयं. सः धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यं. लिख् धातुः तुदादिगणे अस्ति. तुदादिभ्यः शः इति सूत्रमस्ति. तुदादिभ्यः शः इति सूत्रेण कर्तरिषप् सूत्रं प्रबाध्य श इति गणविकरणप्रत्ययः आयाति. श इति विकरणप्रत्यये तत्र अनुबन्धलोपानन्तरम् आ अवशिष्यते. लिख् योगः श योगः अत् इति स्थितिः अस्ति. लिख् योगः आयोगः अत्. श इति प्रत्यये षित्वम् अस्ति किन्तु अपित्वम् अस्ति. तत्र अङ्गकार्यमस्ति वा इति द्रष्टव्यम्. इत्युक्ते तुदादिगणीयशाविकरणप्रत्ययं निमित्तीकृत्य लिख् इति धातुरूपी अङ्गे किमपि अङ्गकार्यमस्ति वा इति द्रष्टव्यम्. तत्र अङ्गकार्यं न भवति. किमर्थं चेत् तत्र शाविकरणप्रत्यये केवलं षित्वम् अस्ति, पित्वं नास्ति इत्यतः गुणकार्यं न सम्भवति. अतः केवलं वर्णमेलनेन लिख इति अङ्गं सिद्ध्यति. लिख इति कस्य कृते अङ्गं भवति? शत्रुप्रत्ययस्य कृते अङ्गं भवति. शाविकरणप्रत्ययस्य कृते लिख् इति धातुः एव अङ्गं भवति, किन्तु शत्रुप्रत्ययस्य कृते लिख इति अङ्गं भवति. इदानीं तत्र अतो गुणे इति सूत्रेण कार्यं भवति इति वार्ता. अग्रे तदेव लिखितम् अस्ति. अन्ततो गत्वा लिखत् इति प्रातिपदिकं तत्र सिद्ध्यति. सत्यभाम भगिनि प्रकाशमानं वदतु.
प्रकाशमानम् अत्र अत्रापि काश् इति धातुः प्रा इति उपसर्गमस्ति. आत्मनेपदिधातुः अस्ति इति कारणात् अत्र शानच् प्रत्ययः विधीयते. शानच् प्रत्ययस्य शकारस्य इत्संज्ञा भवति, चकारस्यापि इत्संज्ञा भवति. अन् आन् इति अवशिष्यते. काश्योगः आन् अत्र आने मुक् सूत्रेण मुक् आगमः भवति इति कृत्वा प्रकाशमानम्. अत्रापि अत्र अत्र एतस्य अकारस्य विकरणप्रत्ययः अत्रापि आगच्छति खलु?
आगच्छति, आगच्छति. अत्र इतोपि चिन्तनं किम् अस्ति, प्र उपसर्गः अस्ति. काश् धातुः आत्मनेपदि धातुः, तत्र प्रकाशते इति लटिरूपमस्ति, काशते इति लटिरूपमस्ति, आत्मनेपदिरूपमस्ति. अतः शाणच् प्रत्ययः. शाणच् प्रत्ययः अस्मिन् पदे कर्त्रर्थे अस्ति. कर्त्रर्थे अस्ति इति कारणतः धातुगणचिन्तनम् अवश्यं भवति. धातुः भुवादिगणे अस्ति, भुवादिगणे अस्ति इति कारणतः अत्र कर्तरिषम् आयाति. अपि च आने मुक् इति सूत्रेण मुक् आगमः भवति इति कृत्वा प्रकाशमान इति प्रातिपदिकं सिद्ध्यति. कृदन्तप्रातिपदिकं शाणजन्तरूपाणि अपि त्रिषु लिङ्गेषु सप्तसु विभक्तिषु सम्भवन्ति. प्रकाशमानं नपुंसकलिङ्गे, प्रकाशमाना इति स्त्रीलिङ्गे भवति, प्रकाशमानः इति पुंलिङ्गे भवति. कर्मण्यर्थे अस्ति चेत् प्रकाश्यमानम् इति भवति, प्रकाश्यमानम्.
मम एकः सन्देहः, प्रश्नः पृच्छति वा?
अहं वदन्ती अस्मि, प्रकाश्यमानम् इति कर्मण्यर्थे शाणजन्तरूपं भवति. अत्र वदतु, इतोपि अन्तिमं वाक्यमस्ति, एते प्रत्ययाः पदान्ते च सन्ति इति लिखितं, तस्य अर्थः कः?
यतोहि कृदन्तपदम् इति एव उक्तम्, अतः प्रत्ययः अन्ते एव भवन्ति खलु?
एते प्रत्ययाः तिङ्गभिन्नाः, पदान्ते च सन्ति इत्युक्ते पदान्ते एते प्रत्ययाः सन्ति वा, पदान्ते सुप्रत्ययाः सन्ति वा, एते प्रत्ययाः धातुभ्यः विधीयन्ते इति तु सत्यम्। एते प्रत्ययाः धातुभ्यः विधीयन्ते अपि च तिङ् भिन्नाः इति तु सत्यम्। अपि च पदान्ते सन्ति, पदान्ते सन्ति इति कथनेन एकरीत्या पदान्ते सन्ति, किन्तु वस्तुतः पदान्ते सुप्रत्ययः एव आयाति। एते प्रत्ययाः कृत् प्रत्ययाः, कृत् प्रत्ययस्य योजनेन कृदन्तप्रातिपदिकं सिद्ध्यति, कृदन्तप्रातिपदिकस्य अन्ते सुप् प्रत्ययः अन्ते अस्ति इति तत्र अवगन्तव्यम्। अस्तु,
अपि च भगिनि कथं वयं जानीमः कृत् कर्तृत्वे अस्ति वा, कृत् प्रत्ययः कर्मणि अस्ति वा इति?
तदर्थमपि सूत्राणि सन्ति, अपवादसूत्राणि सन्ति। औत्सर्गिकतया इत्युक्ते उत्सर्गसूत्रमस्ति कर्तरीकृत्। उत्सर्गसूत्रेण किमुच्यते इत्युक्ते सामान्यतया धातुतः विधीयमानः प्रत्ययः कृत् प्रत्ययः अस्ति चेत्, तत् कृदन्तपदमस्ति चेत् सामान्यतया कर्त्रार्थकाः भवन्ति कृत् प्रत्ययाः, किन्तु अपवादाः सन्ति। उदाहरणार्थं क्ता प्रत्ययः, क्ता प्रत्ययः कर्मार्थकप्रत्ययः, किन्तु क्तव तु कर्त्रार्थकः, शत्रुप्रत्ययः कर्त्रार्थकः, शाणच् प्रत्ययः कर्त्रार्थे अस्ति, कर्मार्थे अपि अस्ति। अपवादसूत्राणि अपि ज्ञातव्यानि कर्तरीकृत्प्रसङ्गे। तत् सामान्यसूत्रम्, औत्सर्गिकसूत्रमस्ति इत्युक्ते व्याकरणे वयं किं पठामः, आदौ सामान्यं जानीमः, पश्चात् अपवादः उच्यते। आदौ सामान्यं किम् इति स्पष्टतया ज्ञातव्यं, पश्चादेव अपवादाः उच्यन्ते। अस्तु, अग्रे सरेम। इदानीं शुभदा भगिनी भवती एव पठितुमिच्छति वा?
आं भगिनि, पठामि। एते सर्वे प्रत्ययाः तिङ् कृतश्च अष्टाध्याय्याः तृतीयाध्याये विहिताः, यत्र धातोः प्रत्ययः इत्यनयोः अधिकारः। पूर्वमेव अवगतं यत् आरम्भे तिङ् प्रत्ययाः सर्वे सार्वधातुकाः तिंशित् सार्वधातुकम् इति सूत्रेण। अत्र अनुवृत्तिसहितसूत्रम् अवलोकयाम। धातोः परश्च तिंशित् प्रत्ययः सार्वधातुकम्, अतः सार्वधातुकत्वस्य कृते प्रथमो नियमः अयं यत् प्रत्ययः धातुतः विहितः स्यात्। धातुतः विहितः नास्ति चेत् सार्वधातुकत्वस्य आर्धधातुकत्वस्य प्रश्नः नैव उदेति। तदा धातुतः विहितश्चेत् तिङ् चेत् सार्वधातुकम् इति निश्चितम्। परन्तु कृत् चेत् किमपि नैश्चित्यं नास्ति यत् सार्वधातुकं भवेत्। कृत् षित् अस्ति चेदेव सार्वधातुकः। कृत् प्रत्ययेषु नवशित्तः, ते च शत्रु, शानच्, चानश्, शानश्, शानन्, खश्, एष, षध्यै, षध्यैन् षध्यैन् भवति खलु, षध्यैन् इति। एषु द्वौ प्रसिद्धौ शत्रु, शानच् च, अवशिष्टाः सर्वे कृत् प्रत्ययाः आर्धधातुकाः, आर्धधातुकं शेषः इति सूत्रेण। अत्र वयं दृष्टवन्तः तिङ् च कृत् च प्रत्ययः धातुतः विहिताः इति। तस्य अधिकारः ते सर्वे धातोः अपि च प्रत्ययः इत्यस्मिन् अधिकारे आगच्छन्ति। तत्र सर्वे तिङ् प्रत्ययाः सर्वे सार्वधातुकाः वयं जानीमः, तिंशित् सार्वधातुकम् इत्यनेन ते सर्वे प्रत्ययाः सार्वधातुकाः औत्सर्गिकरूपेण इति वयं जानीमः। परन्तु अनुवृत्तिसहितसूत्रं वयं पश्यामः चेत् तत्र धातोः परश्च प्रत्ययः इति त्रयोः अधिकारः, त्रयाणाम् अधिकारः तत्र वर्तते। किमर्थं चेत् एते सर्वे प्रत्ययाः, तिङ् प्रत्ययाः अपि च कृत् प्रत्ययाः, ते सर्वे धातुतः विहिताः भवन्ति। धातुतः विहितः नास्ति चेत् ते सार्वधातुक वा आर्धधातुक वा इति न उच्यते। किमर्थं चेत् केवलं धातुतः विहिताः प्रत्ययाः एव सार्वधातुक वा आर्धधातुक वा भवेत्। अतः धातुतः विहिताः भवन्ति, धातुतः विधीयन्ते चेदेव ते तिङ् प्रत्ययः अथवा कृत् प्रत्ययः धातोः अथवा क्षम्यतां धातोः प्रत्ययः अपि च परश्च इत्येतेषां त्रयाणाम् अधिकारे आगच्छन्ति. यत्र धातुतः भवन्ति, किञ्चित् अग्रे गच्छामः चेत् यत्र धातुतः भवन्ति अपि च ते तिङ् अस्ति चेत् सार्वधातुकम् इति वयम् इति वयं जानीमः. परन्तु यदा ते कृत् अस्ति चेत् ते यदा इष्यत् अस्ति चेदेव ते सार्वधातुकाः इति उच्यते. यदा ते षित् नास्ति, अषित् कृत् सार्वधातुकप्रत्ययाः तु आर्धधातुककृत् प्रत्ययाः इति उच्यते. यदा कृत् प्रत्ययेषु के षित् प्रत्ययाः नाम के सार्वधातुकप्रत्ययाः सन्ति, तत्र नवप्रत्ययाः षित् प्रत्ययाः कृत् षित् प्रत्ययाः सन्ति. शत्र शानच् चानश् शानन् खश् श एष् षध्यै षध्यै इति एतस्मिन् सर्वस्मिन् प्रत्ययेषु शकारस्य इत्संज्ञा भवति, अतः ते सर्वे षित् प्रत्ययाः. अपि च एते सर्वे प्रत्ययाः तिङ् न सन्ति, अतः ते कृत् प्रत्ययाः, अतः ते कृत् षित् प्रत्ययाः इति उच्यते. एतेषु द्वौ प्रत्ययाः एव प्रसिद्धौ इति दत्तमस्ति, शत्रौ अपि च शानच्. अवशिष्टाः सर्वे कृत् प्रत्ययाः आर्धधातुकाः. अत्र शत्रु अपि च शानच् एते द्वौ प्रत्ययौ सार्वधातुकौ, ते षित् सन्ति. अवशिष्टाः सर्वे प्रत्ययाः आर्धधातुकाः. एतत्तु न अवगतं भगिनि, तत्र शकारस्य इत्संज्ञा भवति खलु तस्मिन्
अन्ततो गत्वा? अत्र नव षित् प्रत्ययाः दत्ताः, तालव्यशकारः आदौ एव भवेत् इति नियमः तु नास्ति. इत्युक्ते तस्मिन् प्रत्यये कुत्रापि भवितुमर्हति. चानश् इत्यत्र शकारः अन्ते अस्ति, तस्मिन् प्रत्यये शकारः इत्संज्ञकः तालविषकारः अस्ति चेत् ते प्रत्ययाः षित् प्रत्ययाः. एते प्रत्ययाः सर्वे इत्युक्ते एतेषु नवसु प्रत्ययेषु तालव्यशकारः इत्संज्ञकः, अतः एते प्रत्ययाः तिङ्षित् सार्वधातुकम् इति सूत्रेण षित् प्रत्ययाः, अतः षित्वात् सार्वधातुकः. एतान् नवप्रत्ययान् विहाय अन्ये सर्वे कृत् प्रत्ययाः आर्धधातुकाः भवन्ति. इत्युक्ते एतान् नवप्रत्ययान् विहाय अन्येषु प्रत्ययेषु तालव्यशकारः इत्संज्ञकः नास्ति. तालव्यशकारः इत्संज्ञकः नास्ति चेत् अशितः, अशितः चेत् आर्धधातुकं शेषः इत्यनेन ते प्रत्ययाः आर्धधातुकाः भवन्ति. एतान् नवप्रत्ययान् विहाय अन्ये सर्वे कृत् प्रत्ययाः अशितः, अशितः इति कारणतः सार्वधातुकाः न, सार्वधातुकः नास्ति चेत् आर्धधातुकं शेषः इत्यनेन आर्धधातुकाः खलु. निश्चितस्य भावः नैश्चित्यम् इति प्रत्ययः अस्ति. धातोः परश्च प्रत्ययः एतेषां त्रयाणाम् अधिकारः तृतीयाध्याये अस्ति. अपि च कृदन्तानां प्रसङ्गे किं स्मर्तव्यं? धातुभ्यः कृत् प्रत्ययस्य योजनेन आदौ कृदन्तप्रातिपदिकनिर्माणं भवति, पश्चात् सुबन्तप्रक्रियाम् उपयुज्य सुप्रत्ययस्य योजनेन तत् कृदन्तं सुबन्तं भवति. सुबन्तमिति कथनेन सुप् अन्ते यस्य, तत् इति विग्रहवाक्यम्. सुबन्तम् अथवा तिङ्गन्तम् एव पदम् इति वदामः. कृदन्तपदानि सर्वाणि अन्ततो गत्वा सुबन्तानि भवन्ति. कृदन्तपदानि केषुचित् वाक्येषु तिङ्गन्तपदं नास्ति चेत् क्रियापदम् इव कार्यं कुर्वन्ति. धातुतः विधीयमानः प्रत्ययः खलु कृत् प्रत्ययः, अतः कृदन्तपदानि अपि क्रियां बोधयन्ति केषुचित् वाक्येषु. यथा मया पूर्वम् उक्तं, बालकः लिखितवान् इत्यत्र लिख् धातुतः तवत् योजितः, तत्र लिखितवान् इत्यत्र क्रियां बोधयति तत् कृदन्तपदम्. तत्र प्रातिपदिकमस्ति खलु कृदन्तप्रातिपदिकं, तस्य प्रातिपदिकसंज्ञा कृत् तद्धितसमासाश्च इति सूत्रेण शब्दस्य प्रातिपदिकसंज्ञा भवति इत्युक्ते लिखितवत् पठितवत् इति प्रातिपदिकम् अस्ति. पुंलिङ्गे पठितवान् लिखितवान् इति रूपम् अस्ति. प्रातिपदिकं तु पठितवत् लिखितवत्. तत्र पठधातुतः तवत् प्रत्ययस्य योजनेन पठितवत् इति प्रातिपदिकं सिद्ध्यति. पठितवत् इति शब्दस्य प्रातिपदिकसंज्ञा कृत्तद्धितसमासाश्च सूत्रेण दीयते. प्रातिपदिकसंज्ञा नास्ति चेत् तस्मात् परं सुप्रत्ययानां योजनं न भवति. इत्युक्ते सुप्रत्ययस्य योजनं भवितुं तस्य शब्दस्य प्रातिपदिकसंज्ञा स्यात्. प्रातिपदिकसंज्ञा कृत्तद्धितसमासाश्च सूत्रेण भवति. यदा प्रातिपदिकसंज्ञा भवति तदा सुप्रत्ययं योजयामः. सुप्योजनेन तस्य पदसंज्ञा भवति. प्रातिपदिकसंज्ञा भिन्ना कृत्तधितसमासाश्च इति सूत्रं संज्ञासूत्रम्. एवमेव सुप्तिङन्तं पदम् इति अपि संज्ञासूत्रम् अस्ति. सुप्रत्ययस्य योजनेन एव तस्य शब्दस्य पदसंज्ञा भवति अथवा तस्य शब्दस्य पदत्वं सिद्ध्यति. कृदन्तपदानि सामान्यतया कर्तृपदस्य विशेषणानि भवन्ति अथवा कृदन्तपदानि सामान्यतया कर्तृर्थकाः भवन्ति. अपवादत्वेन कुत्रचित् कृदन्तपदानि कर्मार्थकाः भवन्ति. इत्युक्ते कर्मपदस्य विशेषणानि अपि भवन्ति. कृदन्तानां प्रसङ्गे एतत् स्मर्तव्यम्. अग्रेपि पठतु.
अस्य महत्त्वम् अस्माभिः परिशीलितं किं प्रसङ्गे. प्रत्ययः सार्वधातुकः चेत् कर्तरि शप् इति सूत्रेण कर्तृर्थे धातुप्रत्यययोः मध्ये विकरणप्रत्ययः विहितः भवति. अनेन दशानां धातुगणानां रूपभेदाः निष्पद्यन्ते. एतदपि वयं दृष्टवन्तः यत्र सार्वधातुकः प्रत्ययः अस्ति चेत् कृत् प्रत्ययः अस्ति चेदपि सार्वधातुकः अस्ति चेत् कर्तरि शप् इत्यनेन धातु अपि च धातु प्रत्यययोः मध्ये विकरणप्रत्ययः आयाति. कर्तरि शप् इत्यनेन औत्सर्गिकरीत्या शप् प्रत्ययः आयाति. परन्तु तत्तद्गणस्य विकरणप्रत्ययः तत्तद्गणम् अनुसृत्य तत्र आगच्छति शप् प्रबाध्य. अतः दिवादि अस्ति चेत् तस्यन् आयाति, तुदादि अस्ति चेत् श आयाति. तत्सर्वं तु शप् प्रत्ययः प्रबाध्य तत्र धातुप्रत्यययोः मध्ये आगच्छति. तत्र कर्तरि शप् इति अपि सूत्रस्य विवरणं दत्तमस्ति. कर्तृर्थे सार्वधातुकप्रत्यये परे धातुतः शक्ति प्रत्ययः भवति. अत्र कर्तृर्थे कर्तरिप्रयोगः इति अवगम्यताम्. कर्तृर्थे कर्तरिप्रयोगः इति अवगम्यताम्. भावे कर्मणि च शप् प्रत्ययः न विहितः. अनुवृत्तिसहितसूत्रं कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः. अत्र कर्तृर्थे सार्वधातुकप्रत्यये परे इति वयं दृष्टवन्तः. तत्र कर्तृर्थे इति नाम कर्तरिप्रयोगः भवेत्. वाक्यस्य प्रयोगः कर्तरिप्रयोगः भवेत्, न तु भावे अथवा कर्मणि. भावे अथवा कर्मणि भवति चेत् शप् प्रत्ययः न आगच्छति. केवलं कर्तरिप्रयोगस्य प्रसङ्गे एव शप् प्रत्ययस्य प्राप्तिः. अतः अनुवृत्तिसहितसूत्रं भवति कर्तरि नाम कर्तरिप्रयोगस्य प्रसङ्गे सार्वधातुके नाम सार्वधातुकप्रत्यये परे परनिमित्तसप्तमी अस्ति. धातोः नाम पञ्चमी, धातोः परं परश्च, धातोः परश्च शप् प्रत्ययः परः च धातोः अपि परः च शप् प्रत्ययः विहितः भवति इति.
उत्तमं. कर्तरि इति कथनेन कर्तरिप्रयोगः अवगम्यताम् इति कर्मणि लोट् रूपम् अस्ति. कर्मणि लोट् लकारः प्रथमपुरुष एकवचनरूपम् अस्ति. कर्तरि शप् सूत्रस्य प्रसङ्गे कर्तृर्धकसार्वधातुकप्रत्यये परे इति मुख्यविषयः. तदर्थमेव अनुवृत्तिसहितसूत्रे कर्तरि सार्वधातुके इति लिखितम् अस्ति. कर्तृर्धकसार्वधातुकप्रत्यये परे एव शप् आगन्तुं शक्नोति. भावार्थे कर्मण्यर्थे शप् न आयाति. पूर्वस्मिन् परिच्छेदे दशानां धातुगणानां रूपभेदाः निष्पद्यन्ते इति लिखितमस्ति. दशानां धातुगणानां रूपभेदाः निष्पद्यन्ते इत्युक्ते तिङन्तरूपेषु किमर्थं तत्र रूपभेदः जायते इति प्रश्ने सति तत्र कारणद्वयमस्ति. कारणद्वयं किम् इत्युक्ते गणविकरणप्रत्ययः आयाति खलु, गणविकरणप्रत्ययम् अनुसृत्य अङ्गकार्यं भिद्यते. यदा धातुगणचिन्तनं कुर्मः तदा गणविकरणप्रत्ययः आयाति. गणविकरणप्रत्ययस्य स्वभावम् अनुसृत्य धातृपि अङ्गे अङ्गकार्यं भिद्यते, तदर्थं रूपभेदः जायते इति एकं कारणम्. अन्यत् कारणमस्ति स्वयं सः विकरणप्रत्ययः अपि भिद्यते. इत्युक्ते सर्वेषु गणेषु एकः एव गणविकरणप्रत्ययः नास्ति खलु, अतः प्रत्येकस्मिन् गणे भिन्नभिन्नविकरणप्रत्ययः अस्ति. भुवादिगणे शप् आयाति, दिवादिगणे श्यन् आयाति, स्वादिगणे श्नु आयाति, रुधादिगणे श्नम् आयाति, क्रियादिगणे श्ना आयाति. एवं स्वयं गणविकरणप्रत्ययस्यापि भिद्यते खलु, तदर्थमपि रूपभेदः जायते. इत्युक्ते तत्र कारणद्वयेन रूपभेदस्य प्राप्तिः भवति. इत्युक्ते स्वयं विकरणप्रत्ययः भिद्यते, भिन्नगणेषु भिन्नविकरणप्रत्ययः अस्ति इति एकं कारणम्. अपि च गणविकरणप्रत्ययं निमित्तीकृत्य धातुरूपी अङ्गे यदङ्गकार्यं भवनीयं तदङ्गकार्यमपि भिद्यते. इत्युक्ते विकरणप्रत्ययः शप् अस्ति चेत् धातुरूपी अङ्गे गुणकार्यं भवति, विकरणप्रत्यये पित्वं नास्ति चेत् भिन्न अङ्गकार्यं भवति इत्यपि तत्र स्मर्तव्यः अंशः. शत्रन्तानां प्रसङ्गे किञ्चित् लिखितम् अस्ति. सत्यभामा भगिनी भवती पठतु, किञ्चित् पठित्वा समापयाम.
तत्रर्थे सार्वधातुकानां कृत्प्रत्ययानां कृदन्तानां दशानां धातुगणानां रूपभेदाः.
तस्मिन् प्रसङ्गे वदतु, शीर्षकमस्ति खलु.
कर्त्रर्थे सार्वधातुकानां कृत्प्रत्ययानाम् इति उक्तमस्ति. इत्युक्ते धातुभ्यः यदा प्रत्ययः विधीयते तत्र पूर्वमेव उक्तमस्ति तिङ्क्षित् सार्वधातुकम् इत्यनेन यत् षित् प्रत्ययः अस्ति तेषां सार्वधातुकसंज्ञा विधीयते इति. अत्र तादृश षित् कृत् प्रत्ययाः सार्वधातुकाः, तेभ्यः दशसु गणेषु विभक्ताः सन्ति. यदा तिङ्प्रत्ययस्य तिङ्प्रत्ययः दशसु गणेषु विभक्ताः वर्तते तदा कृत्प्रत्ययः अपि दशसु गणेषु वर्तते इति. तत्र गण प्रत्येकस्मिन् गणे रूपभेदः वर्तते. तद् इदानीं भगिनी उक्तं किं स्वयं विकरणप्रत्ययस्य भेदेन अपि रूपभेदः वर्तते, अपि च अङ्गकार्यस्य अङ्गे यत् परिवर्तनं भवति तेन अपि रूपभेदः दृश्यते इति.
उत्तमं. न केवलं तिङ्गन्तानां प्रसङ्गे दशानां धातुगणानां रूपभेदाः जायन्ते, कृदन्तानां प्रसङ्गे अपि. कीदृशकृदन्तानां? कर्त्रर्धकसार्वधातुककृदन्ताः. कर्त्रर्धकसार्वधातुककृदन्तं शत्रुप्रत्ययः कर्त्रर्धकः, षित्वात् सार्वधातुकः, अतिङ् अस्ति इति कारणतः कृत् प्रत्ययः. इत्युक्ते अत्र चर्चा कस्मिन् प्रसङ्गे अस्ति? कर्त्रर्धकसार्वधातुककृदन्तानां प्रसङ्गे अपि. न केवलं कर्त्रर्धकसार्वधातुकतिङन्तानां प्रसङ्गे धातुगणभेदाः यथा जायन्ते तथा एव कर्त्रर्धकसार्वधातुककृदन्तानां प्रसङ्गे इत्युक्ते षित् प्रत्ययानां प्रसङ्गे अपि तादृशं चिन्तनमेव, तादृशरीत्या एव धातुगणचिन्तनं अपि च रूपभेदाः जायन्ते इति. अग्रे वदतु.
यथा शत्रुप्रत्ययः षित् अधः सार्वधातुकः, कर्त्रर्थे एव भवति शत्रुप्रत्ययः. कर्तरि शप् इत्यनेन शबादेः विकरणप्रत्ययाः विहिताः, अतः शत्रन्तेषु दशानां धातुगणानां रूपभेदाः. यथा शत्रुप्रत्ययः षित् अधः सार्वधातुकः इत्युक्ते शत्रुप्रत्ययः यद् वर्तते तस्य शकारस्य इत्संज्ञा भवति इति कारणात् तत् षित् अस्ति. तिङ्क्षित् सार्वधातुकम् इत्यनेन तस्य सार्वधातुकसंज्ञा भवति, अतः अयं प्रत्ययः सार्वधातुकम् अपि. कर्त्रर्थे एव भवति शत्रुप्रत्ययः, तद् कथं वयं जानीमः?
कथं जानीमः इत्युक्ते तदर्थमेव कर्तरि कृत् इति सूत्रं स्मर्तव्यं. सामान्यतया कर्तरि कृत् कृत् सूत्रेण कृत् प्रत्ययान्तशब्दाः कर्त्रर्थे एव भवन्ति, सामान्यनियमः.
कर्तरिकृत् इति सूत्रेण औत्सर्गसूत्रेण कृत् प्रत्ययः कर्त्रर्थे आगच्छति. तदेव अत्र छत्रप्रत्ययः कर्तृर्थे एव भवति इति उक्तम्. तदनन्तरं सार्वधातुकः प्रत्ययः अस्ति इति कारणात् अत्र कर्तरिषप् कदा आगच्छति? यदा गणवितरणप्रत्ययस्य चिन्ता भवति तदानीमेव. इदानीं सार्वधातुकम् अस्ति, अतः इदानीं गणचिन्तनं करणीयं. तत्र यदा गणचिन्तनं करणीयं, धातु कस्मिन् गणे अस्ति इति प्रथमं निर्धारणीयं. तदनुसृत्य गणविकरणप्रत्ययः आगच्छति. औत्सर्गिकरूपेण कर्तृषप् अत्र विधीयते.
कर्तृषप् प्रसङ्गे निमित्तं किम् इति प्रश्ने सति, कर्तृषप् इति सूत्रं कार्यं कर्तुं तत्र किम् आवश्यकं, किं निमित्तम् आवश्यकम् इत्युक्ते, धातोः परं कर्त्रर्धकसार्वधातुकप्रत्ययः स्यात्. सः कर्त्रर्धकसार्वधातुकप्रत्ययः तिङ् वा भवतु कृत्वा भवतु, चिन्ता मास्तु. धातोः परं कर्त्रर्धकप्रत्ययः स्यात्, सार्वधातुकप्रत्ययः स्यात्. शत्रुप्रत्ययः तादृशः एव, इत्युक्ते शत्रुप्रत्ययः कर्त्रर्धकः सार्वधातुकः. अतः तत्र कर्तृषप् सूत्रस्य कृते निमित्तं पूरितमस्ति. उदाहरणार्थं पट् धातोः परं शत्रुप्रत्ययः अस्ति. शत्रुप्रत्ययस्य कर्तृर्धकसार्वधातुकत्वात् कर्तरि शप् आगन्तुं शक्नोति. तस्यां दशायां धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यम्. शत्रन्तरूपसिद्धौ अपि धातुगणचिन्तनम् अस्ति. शत्रुप्रत्ययस्य अनुबन्धलोपः कथं भवति वदतु.
शत्रुप्रत्ययस्य अनुबन्धलोपे अत् इति उक्तमस्ति. शत्रु इत्यत्र आदौ शकारः वर्तते, तस्य रसक्वतधिते इति सूत्रेण संज्ञा भवति. तस्य लोपः इति सूत्रेण शकारस्य संज्ञा भूत्वा लोपः अपि भवति. तदनन्तरं ऋ इति अनुनासिकऋकारान्त अस्ति, उपदेश अनुनासिक इत्यनेन सूत्रेण तस्य इत्संज्ञा भवति. तदनन्तरं लोपः अपि भवति. अत् इति एव अवशिष्यते.
सामान्यतया शत्रुप्रत्ययः वर्तमानकालार्धे एव विहितः भवति. तत्र सूत्रमस्ति लटः शत्रशाणचाव प्रथमा समानाधिकरणे. लटः शत्रशाणचाव प्रथमा समानाधिकरणे सूत्रेण सामान्यतया शत्रुप्रत्ययः वर्तमानकालार्थे एव भवति. तत्रापि वैशिष्ट्यमस्ति. शत्रुप्रत्ययः कदाचित् भविष्यदर्थे अपि भवति. लृटः सद्वा इति सूत्रमस्ति. लृटः सद्वा इति सूत्रेण शत्रुप्रत्ययः शाणच् प्रत्ययः भविष्यदर्थे अपि भवतः. शत्रुप्रत्ययः भविष्यदर्थे भवति चेत् वाक्यानि कथं भवन्ति? कार्यं करिष्यन्तं बालकं पश्यतु. कार्यं करिष्यन्तं बालकं पश्यतु. करिष्यन्तं बालकम् इत्यत्र शत्रुप्रत्ययः भविष्यदर्थे अस्ति. एवमेव पाठं पठिष्यन्तं छात्रं पश्य. पठिष्यन्तं छात्रम् इत्यत्र भविष्यदर्थे शत्रुप्रत्ययः अस्ति. इत्युक्ते शत्रुप्रत्ययः न केवलं वर्तमानार्थे, भविष्यदर्थे अपि भवति. भविष्यदर्थे भवति चेत् तत्र सूत्रमस्ति लृटः सद्वा. एवमेव शाणच् प्रत्ययः अपि भविष्यदर्थे भवति. कार्यं करिष्यमाणं माणवकं पश्य. पाठं पठिष्यमाणं छात्रं पश्यतु. तत्र करिष्यमाणं पठिष्यमाणम् इत्युक्ते शाणच् प्रत्ययः भविष्यदर्थे अपि भवति. कुर्वाणं बालकं पश्य इति रूपमस्ति खलु, किन्तु करिष्यमाणम् इति कथनेन तत्र भविष्यदर्थे शाणच् प्रत्ययः अस्ति. शत्रुप्रत्ययः न केवलं वर्तमानार्थे, भविष्यदर्थे अपि भवति. भवादिगणीयधातुं स्वीकृत्य शत्रन्तरूपं साधनीयं. भगिनी करोतु.
भुवादौ पठ् धातुः शत्रुप्रत्ययः अनुबन्धलोपे सति अत् अवशिष्यते. कर्तरिषप् इति सूत्रेण इदानीं विकरणप्रत्ययः आगच्छति. पठ् धातोः अनन्तरम् अत् प्रत्ययः वर्तते. मध्ये व्यवधानम् अस्ति इति कारणात् शप् विधीयते. अतः शप् इत्यत्र अनुबन्धलोपानन्तरम् अकारः एव अवशिष्यते. पठ् योगः आयोगः अत् इति अस्ति. तत्र अधो गुणे इति एकसूत्रम् आगच्छति. सूत्रं
अस्मिन् प्रसङ्गे एव आदौ वदतु
इत्युक्ते कथं वर्णमेलने पठत् इति प्रातिपदिकं पुंसि पठन् स्त्रियां पठन्ति इति एव अत्र अस्ति
प्रातिपदिकं किम् अस्ति
पठत् इति
पुंलिङ्गे प्रातिपदिकं किम् अस्ति नपुंसकलिङ्गे प्रातिपदिकं किम् अस्ति स्त्रीलिङ्गे प्रातिपदिकं किम् अस्ति
पुल्लिङ्गे नपुंसकलिङ्गे पठत् इति अस्ति पुल्लिङ्गे पठन् इति अस्ति स्त्रीलिङ्गे पठन्ति इति अस्ति
तत्र भ्रमः मास्तु पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे प्रातिपदिकं किम् इति वक्तव्यं प्रथमाविभक्ति एकवचनरूपमपि वक्तव्यं तत्र भेदः अस्ति स्पष्टतया ज्ञातव्यं त्रिषु लिङ्गेषु प्रातिपदिकं किं त्रिषु लिङ्गेषु रूपाणि कथं भवन्ति अत्र शुभदा भगिनी एकवारं स्मारयतु
भगिनि प्रातिपदिकम् एकमेव भवति खलु
न तथा नास्ति शुभदा भगिनी भवती वक्तुमिच्छति वा त्रिषु लिङ्गेषु प्रातिपदिकं किं त्रिषु लिङ्गेषु प्रथमाविभक्ति एकवचनरूपं किम् इति वक्तव्यम्
मम अपि अवगमनं तादृशमेव भगिनि पठत् इति प्रातिपदिकं त्रिषु लिङ्गेषु परन्तु तस्य पुल्लिङ्गे एकवचने पठन् इति रूपं प्रथम एकवचनं स्त्रीलिङ्गे पठन्ति इति एकवचने प्रथम एकवचने रूपम् अपि च नपुंसकलिङ्गे पठत् इति एव रूपं परन्तु प्रातिपदिकं तु पठत् एव त्रिषु लिङ्गेषु इति मम अवगमनम् आसीत्
तत्र किञ्चित् भेदः अस्ति पुंलिङ्गे प्रातिपदिकं पठत् प्रथमाविभक्तिरूपाणि पुंलिङ्गे कथं भवन्ति पठन् पठन्तौ पठन्तः एवं रूपाणि भवन्ति नपुंसकलिङ्गे पठत् प्रातिपदिकमस्ति पठत् पठति पठन्ति पठत् पठति पठन्ति एवं रूपाणि भवन्ति नपुंसकलिङ्गे यथा जगत् जगत् शब्दवत् जगत् जगति जगन्ति जगत् जगति जगन्ति एवं रूपाणि भवन्ति नपुंसकलिङ्गे तत्र प्रातिपदिकम् अपि पठत् प्रथमाविभक्ति एकवचनरूपमपि पठत्येव नपुंसकलिङ्गे स्त्रीलिङ्गे प्रातिपदिकमपि पठन्ति एव प्रथमाविभक्ति एकवचनरूपमपि पठन्ति एव किमर्थं तथा इति प्रश्नः स्त्रीलिङ्गरूपेषु नुमागमः भवति प्रातिपदिके एव निमागमः भवति अयं धातुः भुवादिगणे अस्ति खलु भुवादिगणे स्त्रीलिङ्गसत्रन्तरूपेषु प्रातिपदिके एव नुमागमसहितं रूपं सिद्ध्यति तत्र प्रातिपदिकम् अपि पठन्ति एव किमर्थम् एवं वदन्ती अस्मि अत्र पठन्ति इति शब्दस्य प्रातिपदिकं स्वीकृत्य सप्तसु विभक्तिषु रूपाणि पश्यामश्चेत् रूपाणि कथं भवन्ति पठन्ती पठन्त्यौ पठन्त्यः पठन्तीं पठन्त्यौ पठन्तीभ्यां पठन्तीभिः पठन्त्याः एवं रूपाणि सप्तसु विभक्तिषु सम्भवन्ति इत्युक्ते सप्तसु विभक्तिषु सर्वत्र नुमागमः दृश्यते इत्युक्ते सप्तसु विभक्तिषु सर्वेषु रूपेषु नुमागमः आवश्यकः इति वदामश्चेत् सः नुमागमः प्रातिपदिके एव अस्ति चेदेव वयं सप्तसु विभक्तिषु नुमागमसहितं रूपं द्रष्टुं शक्नुमः इति तत्र वार्ता इत्युक्ते प्रातिपदिके एव नुमागमः अस्ति चेदेव सर्वेषु रूपेषु नुमागमसहितं रूपं द्रष्टुं शक्यते इति तत्र विषयः अतः स्त्रीलिङ्गे प्रातिपदिकं पठन्ति एव भुवादिगणीय सत्रन्तस्त्रीलिङ्गरूपेषु नुमागमः नित्यरूपेण भवति सत्रन्तस्त्रीलिङ्गरूपेषु भुवादिगणे नुमागमः नित्यरूपेण भवति नुमागमः भवितुं तत्र सूत्रद्वयमस्ति शप्श्यनोर्नित्यम् इति एकं सूत्रमस्ति अपि च आच्छीनद्योर्नुम् इति सूत्रमस्ति तेन सूत्रद्वयेन नुमागमः भवति इत्युक्ते प्रातिपदिके एव नुमागमः अस्ति प्रातिपदिके एव नुमागमः अस्ति इति स्मर्तव्यः अंशः स्त्रीलिङ्गरूपेषु प्रातिपदिके एव नुमागमः अस्ति किन्तु पुंलिङ्गे नपुंसकलिङ्गे प्रातिपदिकं पठत्येव स्त्रीलिङ्गे तु पठन्ति इति प्रातिपदिकम् अस्ति
इदमेव पूर्वम् अत्र शत्रन्तरूपे भेदः विद्यते इति उक्तं षष्ठगणे किमर्थं गुणः न भवति इति यदा पठितं तत्र आगतम् एतत् किन्तु विवरणं न आसीत्
भुवादिगणे नित्यरूपेण स्त्रीलिङ्गसत्रन्तरूपे शृणुमागमः नित्यरूपेण भवति इति पठितं. तुदादिगणे तु विकल्पेन भवति खलु, विकल्पेन भवति इति चेत् तत्र रूपद्वयं सिद्ध्यति तुदादिगणे, एकस्मिन् पक्षे नुमागमः अन्यस्मिन् पक्षे नुमागमः नास्ति.
भगिनि तत्र यदि प्रातिपदिके एव नुमागमः विधीयते चेत् कथम् अत्र विकल्पः साधयितुं शक्यते?
तुदादिगणे विकल्पेन भवति नुमागमः.
यदि प्रातिपदिके एव आगच्छति तर्हि विकल्पः कथं भवति? तत्र
भवेत् तत्र
सूत्रविकल्पेन भवति इति चिन्तयामि.
अतः लिखति गच्छति, लिखन्ति गच्छति इति रूपद्वयम् अस्ति, किन्तु भुवादिगणे केवलं पठन्ति इति एव रूपम् अस्ति. अतो गुणेसूत्रस्य प्रसङ्गे अत्र किञ्चित् पठतु.
अवदान्तात् अधः गुणे परे पूर्वपरयोः स्थाने एकः पूर्वरूपम् एकादेशः स्यात्. गुणः इत्युक्तौ आ ए ओ. इदं सूत्रं पृथ्वीरेचि अकः सवर्णे दीर्घः इत्यनयोः अपवादसूत्रम्. अधः पञ्चम्यन्तं गुणे सप्तम्यन्तं द्विपदम् इदं सूत्रम्. उस्य पदान्तात् इत्यस्मात् अपदान्तात् अपि च एनि पररूपम् इत्यस्मात् पररूपम् इत्यनयोः अनुवृत्ति एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितं सूत्रम्. अपदान्तात् अधः गुणे पूर्वपरयोः एकः पररूपं संहितायाम् इति सूत्रम् अस्ति. षष्टाध्यायस्य प्रथमपादस्य सप्तनवतितमसूत्रम्. अपदान्तात् अधः गुणे परे पूर्वप्रयोः स्थाने एकः पररूपम् एकादेशः भवति. इत्युक्ते पूर्वपरयोः स्थाने पूर्व अकार परम् अपि अकारः अस्ति चेत् पूर्वपरयोः स्थाने एकः अकारः पूर्वरूपम् एकादेशः भवति इति उक्तं सूत्रम्.
किं स्मर्तव्यम् इत्युक्ते अपदान्तात् इति, अपदान्तात् इत्युक्ते अस्य पदसंज्ञा न स्यात्. अत्र उपरितनं भागं पुनः एकवारं पश्यामश्चेत् पाठ्ययोगः शप्ययोगः अत् पाठ्ययोगः शप्ययोगः अत् इति स्थितिः अस्ति तत्र. अत् इति शत्रुप्रत्ययस्य अवशिष्टभागः, पाठ्ययोगः शप्ययोगः अत् इत्यत्र शप् इत्यत्र अकारः अवशिष्यते, तेन पाठ्ययोगः आयोगः अत् इति स्थितिः अस्ति. पाठ्ययोगः आयोगः अत् इत्यत्र शप् विकरणप्रत्ययं निमित्तीकृत्य पठ् इति धातुरूपी अङ्गे अङ्गकार्यं किमपि नास्ति. किमर्थं चेत् पठ् इति धातुः इगन्तधातुः नास्ति, लघु इगुपधधातुः नास्ति, इगन्तम् अङ्गं नास्ति. अतः शप् इति विकरणप्रत्ययं निमित्तीकृत्य तत्र अङ्गकार्यं नास्ति. इत्युक्ते प्रथमतया शप् विकरणप्रत्ययः आयाति चेत् अथवा कोऽपि विकरणप्रत्ययः आयाति चेत् तं विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यम् अस्ति वा, तत्र विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं तत्र अस्ति वा इति स्पष्टतया द्रष्टव्यं. पठ् धातोः प्रसङ्गे शप् विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं किमपि नास्ति इति कारणतः केवलं वर्णमेलनम् अस्ति. पठ्ययोगः आ इति स्थितिः अस्ति. पठ्ययोगः आ वर्णमेलनेन पठ इति रूपम् अस्ति. पठ इति किं? पठ इति शत्रुप्रत्ययस्य कृते अङ्गं भवति. अत् इति प्रत्ययस्य कृते अङ्गमस्ति पठ. पठ इत्यस्य अङ्गसंज्ञा अस्ति, इत्युक्ते प्रत्ययात् पूर्वं यदस्ति तद् अङ्गम् अस्ति. अतः पठ इत्यस्य अङ्गसंज्ञा अस्ति, न तु पदसंज्ञा. पठ इत्यस्य पदसंज्ञा नास्ति.
क्षम्यतां भगिनि, पदसंज्ञा नास्ति इति कारणात् तद् अवदान्तम् इति उक्तं वा
खलु? पठ इति शब्दस्य पदसंज्ञा नास्ति. पदसंज्ञा नास्ति इत्युक्ते पठ इति शब्दस्य अन्ते सुप्रत्ययः नास्ति, तिङ् प्रत्ययः नास्ति, अतः तस्य पदसंज्ञा नास्ति. पठ इति अपदं पदं नास्ति. अपदं न प्रयुञ्जीत, तत् पदं नास्ति, अपदम् अस्ति, तस्य पदसंज्ञा नास्ति. इदानीं पर्यन्तं तस्य पदत्वं न सिद्ध्यति, पदत्वं नास्ति इति कारणतः अपदान्तात् इति उक्तमस्ति. पठ इत्यस्य पदसंज्ञा नास्ति. अपि च तस्य अनन्तरं शत्रुप्रत्ययस्य भागः अनुबन्धलोपानन्तरं शत्रुप्रत्ययस्य अवशिष्टभागः अत् अस्ति. पठयोगः अत् इति स्थितिः अस्ति. अतो गुणे इत्यत्र अतो इत्यत्र निसर्गसन्धिकार्यम् अभवत्, अतः एव अतो अभवत्. अतः इति रूपमेव अतो अभवत् इत्युक्ते विसर्गसन्धिकार्यम् अस्ति. अतः इति कथनेन तत्र तपरकरणं कृतम् अस्ति. अतः इति कथनेन तत्र केवलं ह्रस्व अकारः एव स्वीकर्तव्यः. ह्रस्व अकारः यद्यपि अकारस्य अष्टादशवर्णाः सन्ति, सवर्णाः सन्ति, तदापि ह्रस्व अकारस्य एव ग्रहणं भवतु इति अत्र आशयः. अतः इति कथनेन ह्रस्वकारस्य एव ग्रहणं भवति. तपरस्तत्कालस्य इति सूत्रेण तत्र तपरकरणं कृतमस्ति. अतः इति पञ्चमी विभक्त्यन्तं पदमस्ति. तत्र प्रातिपदिकं किम्? अत्. अत् इति हलन्तशब्दः. अत् अतौ अतः एवं हलन्तशब्दस्य रूपाणि वदामः. अत् इति हलन्तशब्दस्य पञ्चमी विभक्त्यन्तं रूपमस्ति. साधारणतया सूत्रेषु पञ्चमी विभक्त्यन्तं पदमस्ति चेत् किम् अवगन्तुं शक्नुमः? परकार्यं, परकार्यं पूर्वनिमित्तम्. अतः इति पञ्चम्यन्तम् अस्ति इति कारणतः अत्र परकार्यं भवति, पूर्वनिमित्तम् अस्ति. गुणे, गुणे इति सप्तमी विभक्त्यन्तं पदमस्ति. सूत्रेषु सप्तम्यन्तं पदमस्ति चेत् किं भवति? पूर्वकार्यं भवति, परनिमित्तम् इति अर्थः अस्ति. गुणे इति सप्तम्यन्तं पदम् अतः पूर्वकार्यं भवति. अतः पञ्चम्यन्तं पदम् अतः परकार्यं भवति. अतो गुणे, गुणे इति कथनेन गुणः इति शब्दस्य सप्तम्यन्तं रूपं गुणे. गुणः इति व्याकरणे एका संज्ञा अस्ति. गुणः इति एका संज्ञा अस्ति. गुणसंज्ञा का इति प्रश्ने सति अदेन् गुणः इति संज्ञासूत्रमस्ति. अदेन् गुणः इति सूत्रेण गुणसंज्ञा नाम किम् इति उच्यते. गुणसंज्ञकवर्णाः के इति प्रश्ने सति अकारः, एकारः, ओकारः एतेषां त्रयाणां गुणसंज्ञा अस्ति. अदेन् गुणः इत्यस्मिन् सूत्रे अत् एङ् गुणः इति अर्थः. अत् इति कथनेन तत्रापि ह्रस्व अकारस्य एव ग्रहणं भवति. अदेङ् गुणः इत्यस्मिन् सूत्रे ह्रस्व अकारः अपि च एङ् प्रत्याहारः. एङ् प्रत्याहारे एकारः, ओकारः च अस्ति. कारणतः अकारः, एकारः, ओकारः एते त्रयः वर्णाः गुणसंज्ञां प्राप्नुवन्ति. पठयोगः अत् इत्यत्र सामान्यरीत्या कार्यं कुर्मः चेत् सवर्णदीर्घसन्धिः भवति स्म. अकः सवर्णे दीर्घः इति सूत्रेण सवर्णदीर्घसन्धिः भवति स्म, किन्तु तथा न भवति. तथा भवति चेत् अनिष्टं रूपं सिद्ध्यति. पठात् इति रूपं सिद्ध्यति, किन्तु तदनिष्टं रूपम्. अतः तस्य निवारणार्थम् अपवादत्वेन अकः सवर्णे दीर्घः इति सूत्रं प्रबाध्य अतोगुणे सूत्रम् आगत्य कार्यं करोति. अतः अतोगुणे इति सूत्रं वृद्धिरेचि अपि च अकः सवर्णे दीर्घः द्वयोः अपवादसूत्रं. पठायोगः अत् इत्यत्र अकः सवर्णे दीर्घः सूत्रं कार्यं करोति चेत् पठात् इति भवति स्म. तस्य निवारणार्थम् अतोगुणे आगत्य कार्यं करोति. अत्र अपदान्तात् अतः इति मुख्यविषयः. इत्युक्ते अपदान्तात् अतः इति कथनेन इदानीं पर्यन्तं पठ इत्यस्य पदसंज्ञा नास्ति. केवलं पदनिर्माणसमये एव यत्र यत्र अपदान्तह्रस्व अकारः आदौ अस्ति तस्मात् परं गुणसंज्ञकवर्णः, इत्युक्ते गुणसंज्ञकवर्णेषु त्रिषु वर्णेषु अन्यतमवर्णः अकारः, एकारः, ओकारः एतेषु त्रिषु वर्णेषु अन्यतमवर्णः परवर्णः अस्ति चेत् तस्यां दशायां पूर्वपरयोः स्थाने, व्याकरणे एकम् अधिकारसूत्रमस्ति, एकः पूर्वपरयोः इति अधिकारसूत्रमस्ति. अतो गुणे इति सूत्रम् एकः पूर्वपरयोः इति सूत्रस्य अधिकारे अस्ति. इत्युक्ते अत्र एकः पूर्वपरयोः इति अधिकारसूत्रस्य अधिकारः अस्ति इति कारणतः द्वयोः स्थाने पररूपमेव एकादेशः भवति. कानिचन सूत्राणि सन्ति, तेषु एकः पूर्वपरयोः इत्यस्य अधिकारः नास्ति. उदाहरणार्थं यण् सन्धेः सूत्रमस्ति, इको यणचि इति सूत्रमस्ति. तस्मिन् सूत्रे एकः पूर्वपरयोः इति अधिकारसूत्रस्य अधिकारः तत्र नास्ति. तत्र एकस्य वर्णस्य स्थाने एव यण् वर्णः आदेशः भवति, इत्युक्ते इकवर्णस्य स्थाने एव यण् वर्णः आदेशः भवति, न तु पूर्वपरयोः. किन्तु अतोगुणे सूत्रस्य प्रसङ्गे एकः पूर्वपरयोः इति सूत्रस्य अधिकारः अस्ति इति कारणतः द्वयोः वर्णयोः स्थाने, पूर्वपरयोः स्थाने एकमेव रूपं, पररूपम् एकादेशः भवति इति अनेन सूत्रेण उच्यते. अत्र पठयोगः अत् इत्यस्यां दशायां पठ इत्यत्र अपदान्तह्रस्व अकारः अस्ति, अत् इत्यत्र गुणसंज्ञकवर्णः अकारः अस्ति. अस्यां दशायाम् अतोगुणे सूत्रम् आगत्य द्वयोः स्थाने पररूपम् इत्युक्ते पर अकारः आदेशः भवति इति कृत्वा पठत् इति प्रातिपदिकमेव सिद्ध्यति, न तु पठात्. सत्यभामा भगिनी, भवती किं वक्तुमिच्छति?
भगिनी, अत्र पठयोगः आयोगः अत् इत्यत्र पठ पठ इत्यत्र यः अकारः वर्तते तत् अपदान्त अकारः अस्ति, तस्मात् परे तस्य परे गुणवर्णः अत् इति उक्तं, तत् अकारः यकारः ओकारः यद् गुणसंज्ञकवर्णः अस्ति तेषु तत्र एकः एकः अकारः उक्तः सः एव इति अवगन्तव्यम्?
तदेव, पठ इत्यत्र अपदान्त ह्रस्व अकारः अस्ति, अतोगुणसूत्रस्य कृते निमित्तानि पूरितानि सन्ति, तत्र अपदान्त ह्रस्वाकारः अस्ति पठ इत्यत्र. तस्मात् परम् अत् इति सत्रप्रत्ययस्य अवशिष्टभागः अस्ति. अत् इत्यत्र आदिमवर्णः अकारः, सः अकारः गुणसंज्ञकवर्णः, अपि च पठ इत्यस्य पदसंज्ञा नास्ति, अत्र अपदान्त ह्रस्वकारः अस्ति इति कारणतः द्वयोः स्थाने, पूर्वपरयोः स्थाने पररूपम् एकादेशः भवति. इदं सूत्रं वृद्धिरेचि इत्यस्य अपवादसूत्रमपि अस्ति. वृद्धिरेचि इति वृद्धिसन्धेः विधायकसूत्रं. वृद्धिसंज्ञासूत्रं किं? वृद्धिरादैच्. वृद्धिः नाम किम् इति प्रश्ने सति वृद्धिः आत् ऐच्. आत् इति कथनेन तत्रापि तपरकरणं कृतमस्ति. आत् इति कथनेन दीर्घ आकारः, दीर्घ आकारः ऐच् प्रत्याहारः, औकारः ऐकारः, एते त्रयः वर्णाः वृद्धिसंज्ञकवर्णाः इति उक्तम्.
भगिनी, अत्र कथम् अपवादः इति मम भ्रमः अस्ति, यतोहि अत्र अस्य सूत्रस्य निमित्तमस्ति अकारात् परे अकारः एकारः ओकारः, परन्तु वृद्धिरेजि इति आत् एजिः इति अस्ति खलु, ऐकारः औकारः एव.
पठत् इति प्रातिपदिकस्य रूपसाधनवेलायां वयं किम् अवगतवन्तः, अतोगुणे इति सूत्रम् अकः सवर्णे दीर्घः सूत्रं बाधित्वा आगतम्. वृद्धिरेचि इति सूत्रस्य अपि अपवादसूत्रम् इति अवगन्तुम् अन्यत् उदाहरणं स्वीकर्तव्यम्, अन्यद् उदाहरणं स्वीकृत्य चिन्तनं करणीयम्. अस्माकं पाठे तु पठात् इति शब्दस्य स्थाने पठत् इति रूपमेव किमर्थं प्रातिपदिकम् आगतम् इति प्रश्ने सति तत्र अकः सवर्णे दीर्घः सूत्रं बाधित्वा अतोगुणे सूत्रम् आगत्य कार्यं करोति, अतः अपवादसूत्रम्. अतोगुणे इति अकः सवर्णे दीर्घः सूत्रस्य अपवादसूत्रम् इति अवगतम्. किन्तु वृद्धिरेचि तस्य कृते अपि अपवादसूत्रम् इति अवगन्तुम् अन्यत् उदाहरणम् आवश्यकम्. इदानीं पर्यन्तं वयं भुवादिगणीय पठधातुं स्वीकृत्य शत्रुप्रत्ययस्य योजनेन पठत् इति प्रातिपदिकं कथं साधनीयम् इति अवगतवन्तः. अग्रिमे सप्ताहे अदादिगणीयधातुषु किं भवति, शत्रुप्रत्ययस्य योजनेन अदादिगणीयवच् धातुतः शत्रुप्रत्ययस्य योजनेन कीदृशं रूपं सिद्ध्यति इति द्रक्ष्यामः.
वृद्धिरेचि इत्यस्य एकः अपवादः मम स्मरणे अस्ति, अतः उक्तवती. पच इत्यस्य उपच इति उभयपदी धातुः अस्ति खलु, तस्य लोट्लकारस्य उत्तमपुरुषस्य एकवचनस्य रूपं पच ए इति भवति चेत् तत्र पचे इति एव भवेत्, न तु पचै. तत्र अतोगुणे इत्यस्य कार्यं भवितुमर्हति. पच् योगः अ इति विकरणप्रत्ययः, ए इति इड् बहि महिम् इत्यस्मात् ए इति तत्र इ इत्यस्य ए भवति, इत्युक्ते आत्मनेपदानां तेरे इत्यनेन. अतः पच योगः ए तत्र पचै इति भवेत् वृद्धिरेचि इत्यनेन, परन्तु तत्र अतो गुणे कार्यं करोति वृद्धिरेचि इत्यस्य अपवादरूपेण, अतः इष्टरूपं नाम पचे इति वयं प्राप्नुमः अतो गुणे इत्यनेन इति एकम् उदाहरणम् अहं स्मृतवती यतः उक्तवती.
अदादिगणीयवच् धातोः प्रसङ्गे अत्र लिखितमस्ति आवरणे वचन् वचन्ति इति लिखितमस्ति, किन्तु वचति इति रूपमेव अस्ति. अदादिगणीयधातूनां प्रसङ्गे अदन्तम् अङ्गं न सिद्ध्यति. केषुचित् गणेषु अदन्तम् अङ्गं सिद्ध्यति, अन्येषु गणेषु अदन्तम् अङ्गं न सिद्ध्यति. अपि च अदादिगणे शप् विकरणप्रत्ययस्य लुक् भवति इति कारणतः स्त्रीलिङ्ग शत्रन्तरूपेषु नुमागमः नास्ति, अतः वचति इति रूपमेव अस्ति. अदादिगणीयवच् धातोः प्रसङ्गे अत्र मुद्रणदोषः अस्ति इति अहं पठितवती. वचन् इति पुंलिङ्गपदमस्ति, प्रातिपदिकं वचत्, स्त्रीलिङ्गे वचति, तत्र नुमागमः नास्ति. कुत्र कुत्र नुमागमः भवति स्त्रीलिङ्गसत्रन्तरूपेषु इति अग्रे आयास्यति. चतुरन्तरूपसाधनवेलायां स्पष्टतया बहूनि सूत्राणि दत्तानि, तेषां पठनेन अवगमनं जायते. अस्तु, अग्रिमे सप्ताहे अदादिगणीयधातुभ्यः शत्रप्रत्ययस्य योजनेन कीदृशं रूपं सिद्ध्यति इति उदाहरणसहितं पठिष्यामः. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.